अस्तु, अद्य द्रव्यनिरूपणम् इत्यनेन विषयेण विद्याधरीग्रन्थस्य लक्षणभागे अस्माकं प्रवेशः. एतावत्पर्यन्तं यत्किमपि वयं पठितवन्तः सः भागः अस्ति उद्देशग्रन्थः इति. उद्देशग्रन्थः इत्युक्ते नाम्ना निर्देशः जायते पदार्थानां तस्मिन् ग्रन्थे अथवा तस्मिन् विभागे. ग्रन्थः इत्युक्ते वाक्यानां समूहः इति. तर्हि तस्मिन् भागे वयं दृष्टवन्तः यत् नाम्ना सङ्कीर्तनं जातं द्रव्यस्य, गुणस्य, कर्मणः इत्यादीनां पदार्थानाम्, अपि च पारिभाषिकशब्दानां परिचयः अपि जातः उद्देशग्रन्थे. अद्य आरभ्य लक्षणग्रन्थः अस्माभिः परिशील्यते. तत्र प्रथमः विषयः अस्ति 37वें पुटे द्रव्यनिरूपणम् इति. ततः आरभ्य पठेम अद्य. केन आगतम् अधुना?
नमस्ते, अहं सुनीलः.
सुनीलः महोदय, अस्तु अस्तु. रामप्रिया भगिनी पठति वा द्रव्यनिरूपणम् इति 37वें पुटम्?
आं भगिनि. द्रव्यनिरूपणम् उद्देशग्रन्थ अनुसारेण आदौ पृथिवीं निरूपयति. तत्र गन्धवती पृथ्वी, सा द्विविधा, नित्या अनित्या च. नित्या परमाणुरूपा, अनित्या कार्यरूपा, पुनस्त्रिविधा, शरीर इन्द्रिय विषयभेदा. शरीरम् अस्मदादीनाम्, इन्द्रियं ग्रन्थग्राहकं ग्राणं नासाग्रवर्ति, विषयो मृत्यपाषाणादिः इति. पठामि वा?
हा, एतत्तु लक्षणवाक्यमस्ति. यथा सामान्यं भवति सर्वेषां द्रव्याणां तथा एव गन्धवती पृथ्वी, पृथिवी इति पृथिव्याः लक्षणमस्ति. हा, अग्रे गत्वा अपरया रीत्यापि लक्षणं वक्तुं शक्यते कथमिति अद्य पश्येम. किन्तु एतद् वाक्यम् उद्धृतमस्ति तर्कसङ्ग्रह ग्रन्थे, ग्रन्थात् उद्धृतं वाक्यं. तर्हि तत्र गन्धवती पृथ्वी, सा द्विविधा, नित्या परमाणुरूपा, अनित्या कार्यरूपा, एतत् सर्वं परिशीलयिष्यामः अद्य. तत्र पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् इति उक्तमस्ति. तस्य विषये किञ्चित् वक्तव्यम् अस्ति यदहम् अधुना सारांशत्वेन वदामि. तर्हि अस्माभिः चर्चितमासीत् यत् कश्चन ध्वनिः आगच्छन् अस्ति कुतश्चित्. कोऽपि कार् याने अस्ति वा अथवा तथा किमपि? म्यूट्. रामप्रिया भगिनी, प्रायः भवत्य
हीटर् अस्ति, हीटर् ध्वनिः वा? अहं म्यूट् मध्ये आसम् भगिनि. यदा भवती प्रश्नः पृच्छति चेत् अहम् अन्म्यूट्.
अस्तु 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 अस्तु. तर्हि शरीरम् अपि च इन्द्रियम् अपि च विषयः इति पुनः त्रिविधभेदाः वर्तन्ते कस्मिंश्चिदपि द्रव्ये. तर्हि शरीरम् इत्युक्ते किम् इत्युक्ते आत्मनः बोधायतनं शरीरम् इति उच्यते. आयतनम् इत्युक्ते आश्रयः. आत्मा सुखं दुःखम् इत्यादिकम् अनुभोक्तुम् अथवा तस्य सुखदुःखस्य भोगार्थं यम् आश्रयं चिनोति तदेव शरीरम्. तर्हि आत्मनः भोगायतनं शरीरम् इति उक्तमासीत्. अपि च हिताहितप्राप्तिपरिहारानुकूलक्रिया शरीरे भवति इति उक्तम्. हिताहितप्राप्तिपरिहारानुकूलक्रिया, पदविच्छेदं कृत्वा हितस्य प्राप्त्यर्थम् अपि च अहितस्य परिहारार्थं या क्रिया भवति सा क्रिया शरीरे भवति इति उच्यते तैः, नैयायिकैः. अस्तु, तर्हि तदासीत् शरीरम् इत्यस्य विषये. इन्द्रियम् इत्युक्ते तद्विषयज्ञानजनकं. नाम अधुना पार्थिवम् इन्द्रियम् इति वदामश्चेत् अत्र तु पार्थिवम् इन्द्रियम् अस्ति गन्धग्राहकं घ्राणं नासाग्रवर्ति इति. तर्हि तदिन्द्रियं किं करोति इति चेत् पार्थिवविषयस्य ज्ञानं जनयति. घ्राणम् इति इन्द्रियं, घ्राणं गन्धस्य माध्यमेन गन्धं गृहीत्वा पार्थिवविषयस्य ज्ञानं जनयति इति इन्द्रियं, विषयः तु मृत्पाषाणादिः इत्युक्ते शरीरम् अपि च इन्द्रियं तद्विहाय अन्ये पार्थिवपदार्थाः सर्वे पार्थिवविषयाः इति उच्यते. शरीरम् अस्मदादीनाम् इत्युक्ते अस्माकं मनुष्याणां पशूनां सस्यानाम् इति, तद्विहाय ज्ञानजनकं पार्थिवज्ञानजनकम् इन्द्रियम् अपि एकमस्ति. एतौ विहाय अन्यत् यत्किमपि पार्थिववस्तु भवति तत् पार्थिवविषयः इति उच्यते. पार्थिवविषयः इति उपभोगसाधनमस्ति मृत्पाषाणादिः इति अस्य विषये एवम् उक्तम् आसीत्. अत्र कोऽपि प्रश्नः वा कस्यचित्? अस्तु, इति मनसि भवेत्. शरीरेन्द्रियविषयभेदात् इति सर्वेषां द्रव्याणां लक्षणवाक्ये प्रायः आगच्छति अग्रे गत्वापि. सर्वेषाम् इति न, आपः तेजः वायुः इत्येषां लक्षणवाक्ये आगच्छति एव शरीरेन्द्रियविषयभेदात् इति. अस्तु, तर्हि इतः अग्रे सरेम. रामप्रिया भगिनी अग्रे पठतु अधुना.
आं भगिनि, गन्धः लक्ष्यभूतायाः पृथिव्याः लक्षणम् इति उक्तम्. तत्र आदौ किं लक्ष्यम् इति निरूप्यते. जिज्ञासितः ज्ञातुमिष्टः कश्चित् पदार्थः लक्ष्यम् इति शास्त्रे व्यवह्रियते. तत्र विद्यमानः कश्चित् विलक्षणः पदार्थः लोके वैशिष्ट्यं गुणः इति वा प्रसिद्धः. यः लक्ष्य समानजातीयः यावन्तः तेषु सर्वत्र स्यात्, एवं लक्ष्यविजातीयः ये तेषु मा भूत् सः तल्लक्षणम् इति उच्यते. यथा केनचित् गौः ज्ञातव्यम् अस्ति, सा तर्हि जाता लक्ष्यं, तस्मात् अस्ति सास्नापदार्थः. सः गोजातीयेषु गोत्व आश्रयेषु यावत्सु अवश्यं भवति, गोविजातीयेषु गोत्व अभाव आश्रयेषु अश्वं महिषी आदिषु न एव अस्ति. तादृशं च सास्ना पदार्थं दृष्ट्वा तद्वति या सौ गौः इति वेति.
सारांशत्वेन वदतु भगिनि, अत्र अंशद्वयम् अस्ति, लक्ष्यं च लक्षणं, तत् किमिति?
लक्ष्यम् अपि लक्ष्यं लक्षणं विषये अस्ति इदानीम् अत्र. यदा वयं गन्धवती पृथ्वी इति वदामः चेत् तत्तु पृथिव्याः लक्षणम् अस्ति गन्धवती इति. ज्ञातुम् इष्टः पदार्थः यदा अत्र पृथ्वी विषये, तत् लक्ष्यम् अस्माकं लक्ष्यमस्ति पृथ्वी, तस्य ज्ञानम् एव लक्षणम् इति गन्धवती इति विषयेण वयं ज्ञातुं शक्नुमः इति अस्ति. तदेव अत्र उदाहरणरूपेण गौः विषये अपि दत्तमस्ति. लक्ष्यसमानजातीयाः यावन्तः तेषु सर्वत्र स्यात्, एवं लक्ष्यविजातीयः ये तेषु मा भूत् तद् लक्षणम् इति उच्यते. लक्षणस्य विषये अस्ति यद् सामानजातीयः लक्ष्यसमानजातीयः इत्युक्ते अत्र पृथिव्यां यत् समानजातीयः यावन्तः तद् अस्ति, तदेव लक्षणं. यत् विजातीयः नास्ति
इदानीम् अस्माकं लक्ष्यमस्ति पृथिवी, अस्तु. तर्हि लक्ष्यसमानजातीयाः के?
पार्थिव वस्तूनि.
हा हा, समीचीनं. यस्मिन् कस्मिन्नपि पृथिवीत्वम् अस्ति सः पदार्थः लक्ष्यसमानजातीयः इति उच्यते. तर्हि तेषु सर्वेषु किम् अस्ति?
तेषु सर्वेषु गन्धवती इति लक्षणम् अस्ति.
हा, गन्धवत्वम् इति लक्षणं
गन्धवत्वं
नाम गन्धः एव. तर्हि तेषु सर्वेषु कश्चन विलक्षणः पदार्थः अथवा वैशिष्ट्यम् अथवा विशिष्टगुणः अस्ति, सः एव गन्धः. गन्धः एव लक्षणम्. एवमेव गोजातीयेषु सर्वत्र किमस्ति, गोत्वाश्रयेषु नाम यत्र कुत्रापि गोत्वम् अस्ति तत्र तत्र किमस्ति,
सास्ना इति पदार्थः अस्ति, तद् गोजातीयेषु समानजातीयः लक्षणं किल.
हा हा, गोसमानजातीयेषु विद्यमानः गुणः अस्ति अथवा धर्मः अस्ति सास्ना. तर्हि तदेव लक्षणम् इति भवति. गोत्वाभाव आश्रयेषु नाम गोत्वस्य अभावः कुत्र भवति भगिनि?
गोत्वस्य अभावः यदा अन्य पशु पशवः सन्ति तत्र अश्व यदा अत्र अस्ति अश्वमहिषादिषु तद् सास्नापदार्थः नास्ति.
तादृशविशिष्टगुणः यः लक्ष्यविजातीयेषु न स्यात् अपि च लक्ष्यसमानजातीयेषु सर्वत्र भवतु, तादृशः एव लक्षणम् इति शास्त्रे व्यवह्रियते. अपि च जिज्ञासितः विषयः लक्ष्यं. जिज्ञासा इति सर्वे जानीयुः, सनन्तपदमस्ति, ज्ञातुम् इच्छा जिज्ञासा, तथा वक्तुम् इच्छा विवक्षा, तद्वदेव अस्ति. अस्तु, समीचीनं. के आगतवन्तः तदभ्यन्तरे? सन्ध्या भगिनी, अनन्तरं
पुष्पा भगिनी.
अस्तु, सावित्री भगिनी अपि च पुष्पा भगिनी खलु. अस्तु, अग्रे सरेम. रामप्रिया भगिनी, भवती एव पठतु अग्रिमवाक्यद्वयम्, अग्रिमपृष्ठे.
आं भगिनि, तथा च यत् सर्वेषु लक्ष्येषु भवति अलक्ष्येषु न भवति तल्लक्षणम्. यः पदार्थः एवंविधो न भवति सः न लक्षणं किन्तु लक्षणाभासः. लक्षणाभासः यदा वयं दृष्टवन्तः इदानीं सर्वेषु लक्ष्येषु भवति, यदा सर्वेषु गोषु भवति अलक्ष्येषु न भवति, यदा अश्वमहिषादिषु न भवति तद् लक्षणं. यः पदार्थः एवंविधो सर्वेषु लक्ष्येषु न भवति सः न लक्षणं किन्तु लक्षणः लक्षणाभासः.
लक्षणाभासः इत्युक्ते आभासः इत्युक्ते अपियरेन्स्, तावदेव. नाम सर्वेषु लक्ष्येषु भवति, सास्ना इति पदार्थं स्वीकृत्य चिन्तयामश्चेत् सर्वासु गोषु भवति खलु सास्ना. अलक्ष्येषु न भवति नाम अश्वमहिषादिषु न भवति सास्ना. तादृशपदार्थः लक्षणं. यः पदार्थः एवंविधो न भवति सः न लक्षणं किन्तु लक्षणाभासः. इदानीं गवां शृङ्गं भवति खलु, हार्न्. हा, शृङ्गम् अन्यत्र कुत्रचित् भवति वा? हा, भवति खलु. तर्हि यद्यपि तद्दृष्ट्वा अस्तु शृङ्गं भवतु लक्षणम् इति चिन्तयामश्चेत् तद् लक्षणं न, लक्षणाभासः. यद्यपि सर्वासु गोषु अस्ति तद्, तथापि लक्षणं नास्ति इति उच्यते. अस्तु, तर्हि अग्रे गत्वा लक्षणः लक्षणं कीदृशम् इति प्रश्ने कृते तत्र त्रयः दोषाः वर्तन्ते. ते दोषाः यत्र नास्ति तादृशं लक्षणम् इति आगच्छति शास्त्रीयरीत्या अवगन्तुम् इच्छामश्चेत्. तर्हि ते दोषाः के इति अग्रे परिशीलयिष्यामः. भारती भगिनी पठितुमिच्छति वा अथवा केवलं श्रवणमिति?
पठामि.
अग्रिमपरिच्छेदद्वयमपि पठतु, तदनन्तरं चर्चयिष्यामः.
अव्याप्तिदोषः कश्चित् पदार्थः न सर्वेषु लक्ष्येषु वर्तते किन्तु केषुचिदेव सः अव्याप्तः इत्युच्यते. यथा गोः श्वेतरूपं लक्षणमिति केनचित् उक्तम्, इदं च श्वेतरूपं गोजातीयां श्वेतगवी एव वर्तते, कृष्णगवी न अस्ति इति सन्न तत्र अव्याप्तिरीति लक्षणदोषः भवति. प्रकृतचित्रे आहत्य अष्टौ गावः सन्ति, तासु सर्वासु गोत्वम् अस्ति. तत्र प्रथमा द्वितीया चतुर्थी षष्ठी च श्वेतरूपवती, परन्तु तृतीयायां पञ्चभ्यां सप्तभ्याम् अष्टभ्यां च गवी श्वेतरूपं नास्ति. अतः गोत्ववस्तु कासुचित् श्वेतरूपस्य अभावः वर्तते, अतः श्वेतरूपं न गोलक्षणं किन्तु अव्याप्तिदोषग्रस्तं लक्षणाभासः लक्षणाभासः. अव्याप्तिदोषः इति इत्युक्ते कश्चित् न कश्चित् पदार्थः न सर्वेषु लक्षेषु वर्तते, किन्तु केषुचित् एव सः व्याप्तः इत्युच्यते. कश्चन पदार्थः सर्वेषु पदार्थेषु सर्वेषु लक्ष्येषु न वर्तते, किञ्चिदेव वर्तते, तत् अव्याप्तिदोषः अस्ति.
हा, समीचीनम्. अत्र अत्र अस्माकम् उदाहरणे लक्ष्यं किम् अस्ति भगिनि?
लक्ष्यं लक्ष्यमस्ति गोः.
हा हा, गावः इति लक्ष्यम् अथवा अथवा यस्मिन् गोत्वम् अस्ति इति लक्ष्यम्. अस्तु, लक्ष्यम् इत्युक्ते जिज्ञासितः विषयः, यं वयं ज्ञातुम् इच्छामः, नाम गाम् इति धेनुं ज्ञातुम् इच्छामः तर्हि लक्ष्यमस्ति गावः, सर्वाः गावः. अस्तु, तर्हि गोषु श्वेतरूपं लक्षणम् इति कोऽपि वदति, हा, तर्हि तत्र कीदृशदोषः अस्ति?
सर्वेषु गोत्वेषु गोवेषु सर्वेषु गौः
सर्वासु गोषु
सर्वासु गोषु श्वेतरूपं नास्ति, किञ्चित् श्वेतरूपम् अस्ति, किञ्चित् अस्ति अन्य अन्य
अन्यरूपमपि अस्ति. हा, गोत्वम् इति सर्वासु गोषु अस्ति इति सत्यं, परन्तु श्वेतरूपं तासु सर्वासु नास्ति इति कृत्वा श्वेतरूपम् इति लक्षणम् अव्याप्तिदोषग्रस्तम् इति उच्यते. अस्तु,
श्वेतरूपत्वम् इति अव्याप्तिदोषेण ग्रस्तः इति लक्षणम् इति वक्तुं शक्नुमः. एकत्र अव्याप्तिः अस्ति, परन्तु श्वेतरूपमेव अन्यत्र अतिव्याप्तिः अपि तस्य भवितुम् अर्हति किल. उदाहरणार्थं यदा यदि बकः अस्ति, बकेषु अपि श्वेतरूपत्वम् अस्ति.
सत्यं सत्यम् इति तत्रापि उदाहरणत्वेन स्वीकर्तुं शक्यते. सत्यमेव भगिनि, किन्तु हा किन्तु पुस्तके तु भिन्नम् उदाहरणं स्वीकृतम् इति भिन्ना वार्ता, परन्तु भवती यदुक्तवती तदपि सत्यम्. अतिव्याप्ति
दोषग्रस्तमस्ति
भगिनि. सन्ध्या भगिनि खलु,
सा
उक्तवती यद् एतदस्ति खलु श्वेतरूपम् इति, श्वेतरूपम् अतिव्याप्तिदोषग्रस्तम् अपि. अतिव्याप्ति इति अग्रे आगच्छति, पठेम किमर्थमिति पश्येम. अस्तु, परन्तु प्रथमः दोषः अस्ति अव्याप्तिदोषः. हा, इत्युक्ते लक्ष्ये एकदेशवृत्तित्वम्. एकदेशः इत्युक्ते लक्ष्ये अस् इत्युक्ते गोषु एकस्मिन् समुदाये तत्र गवाम् एकदेशः इति चिन्तयामश्चेत् तत्रैव श्वेतरूपम् अस्ति, लक्षे सर्वत्र नास्ति. तर्हि अव्याप्तिदोषः लक्षैकदेशवृत्तित्वम् इति उच्यते शास्त्रीय लक्षे एकदेश. हा क्षम्यतां, लक्ष्य एकदेशावृत्तित्वं नाम लक्ष्ये एकदेशे अवृत्तित्वं, लक्ष्यैकदेशावृत्तित्वम् इति नाम कुत्रचित् अस्ति कुत्रचित् नास्ति, कुत्रचित् वृत्तित्वं कुत्रचित् अवृत्तित्वं, तादृशदोषः अस्ति अव्याप्तिदोषः इति. अस्तु, अग्रिमदोषः अस्ति अतिव्याप्तिदोषः इति, तद् परिशीलयिष्यामः. बालसुब्रह्मण्यमहोदय महोदय अस्ति वा? बालसुब्रह्मण्यमहोदय
क्षम्यतां, म्यूट्. अतिव्याप्तिदोषः द्वितीयो दोषः अतिव्याप्तिः. एषः दोषः यस्मिन् भवति यः पदार्थः लक्ष्ये भवति अलक्ष्ये अपि भवति. यथा गोः शृङ्गं लक्षणं मुक्तं चेत् तत् लक्ष्यासु गोषु वर्तते, तथा एव अलक्ष्यषु अजादिषु अपि वर्तते. प्रकृतिश्चित्ते शृङ्गं यद्यपि सर्वासु गोषु वर्तते, परन्तु अलक्ष्ये अजादौ अपि वर्तते इति तत्र अतिव्याप्तिः दोषः भवति. अतः न इदं लक्षणं किन्तु लक्षणभासः इति दोषः. यत्र पदार्थः लक्ष्ये अस्ति अपि च अलक्ष्ये अपि अस्ति इति सन्दर्भः. उदाहरणरूपेण शृङ्गं गोः लक्षणम् इति उक्त चेत् तत्र दोषः भवति, यतोहि अपरस्मिन् अन्यः मृगेषु अपि शृङ्गः अस्ति. उदाहरणरूपेण अजः, यूनिकोर्न् इत्यादि
अग्रे चित्रमस्ति अग्रिमपृष्ठे. अजः, महिषी, मेषः,
महिषी मृगः, मेषः इत्यादि. अपि च भगिनी उक्तः इति किल, श्वेतः इति उक्ते चेत् श्वेतः अपि अन्यः मृगः अपि
श्वेतरूपं
रूपं सन्ति इति कारणात् दोषः अस्ति. तद्दोषः अतिव्याप्तिः इति उक्तः.
हा समीचीनमस्ति. इति द्वितीयविधदोषः अस्ति. तादृशदोषग्रस्तलक्षणमपि लक्षणाभासः. लक्षणाभासः इत्युक्ते महोदय? सत्यं लक्षणम् इति भाति किन्तु लक्षणं नास्ति. अस्तु समीचीनं. तर्हि
एकः प्रश्नः, अतिव्याप्तिदोष तत् गुण सर्वासु लक्ष्येषु अस्ति, सर्वासु गोषु शृङ्गम् अस्ति, किन्तु श्वेतवर्णः सर्वासु गोषु नास्ति, तो एतत् भिन्ना भवति न? अव्याप्तिदोष अतिव्याप्तिदोषस्य द्वयोः मध्ये भेदम् अस्ति.
अवगच्छामि प्रश्नं. प्रायः वर्गे अपि आगतम् आसीत् किन्तु उत्तरं न प्राप्तम् इति चिन्तयामि. हा, भवती यदुक्तं वक्तुम् इच्छति इति चेत् अस्तु, श्वेतरूपत्वम् अपि च शृङ्गम् इत्यनयोः मध्ये कश्चन भेदः अस्ति. यतोहि शृङ्गं सर्वासु गोषु वर्तते, सर्वासु गोषु भूत्वा अपरत्रापि वर्तते शृङ्गं, तादृशं लक्षणमस्ति शृङ्गम् इति, खलु सरला भगिनी?
आम् भगिनि.
हा, किन्तु श्वेतरूपं तथा न स्यात् इति भवत्याः प्रश्नः. यतोहि कासुचित् गोषु वर्तते, कासुचित् नास्ति इति. तर्हि श्वेतरूपम् अव्याप्तिदोषग्रस्तम् इति तु सत्यं खलु? कासुचित् अस्ति, कासुचित् नास्ति इति तु सत्यं. तर्हि पुनः अतिव्याप्तिदोषः इति वक्तुं शक्यते न वा इति भवत्याः प्रश्नः, यथा शृङ्गम्. तर्हि शास्त्रे न्यायशास्त्रस्य रीत्या वदामश्चेत् अलक्ष्ये वृत्तित्वम् इति अतिव्याप्तिदोषः. लक्ष्यम् इति गावः, अलक्ष्यम् इत्युक्ते अन्यत् सर्वम्. श्वेतरूपम् इति यद्यपि लक्षैकदेशावृत्तित्वमस्ति तस्मिन्, तथापि अलक्षे वृत्तित्वम् इत्यपि सत्यं खलु श्वेतरूपस्य विषये?
अस्तु.
अनया दृष्ट्या प्रायः श्वेतरूपम् अपि अतिव्याप्तिदोषग्रस्तम् इति वक्तुं शक्यते इति चिन्तयामि. लक्षे इतरस्थले विद्यमानत्वम् अस्ति इति अतिव्याप्तिदोषस्य परिभाषा इति स्वीकुर्मश्चेत्.
किन्तु सर्वासु गोषु श्वेतं नास्ति, अतिव्याप्ति तस्य एकं भागं न भवति.
तर्हि अव्याप्तिदोषः प्रथमतया, लक्ष्यैकदेशावृत्तित्वम् इति अव्याप्तिदोषः श्वेतरूपस्य प्रथमतया. परन्तु अतिव्याप्तिदोषस्य डेफिनेशन् अथवा परिभाषा का इति चेत्, अलक्ष्ये वृत्तित्वम् इति परिभाषा. तया दृष्ट्या श्वेतरूपं प्रायः अतिव्याप्तिदोषग्रस्तमपि स्यात् इति मम चिन्तनमस्ति. यतोहि अलक्षे वृत्तित्वम् इत्यपि सत्यं श्वेतरूपस्य विषये. अस्तु अस्तु, समीचीनं. तर्हि
तथा न दृश्यते, अत्र लिखितमस्ति लक्षे भवति अलक्षे अपि भवति. भवति यदुक्तवती प्रथमतया अव्याप्तिदोषस्य निरूपणं, तदनन्तरम् अतिव्याप्तिदोषस्य निरूपणे लक्ष्ये भवति अलक्ष्ये अपि भवति. तत्र श्वेतरूपम् अव्याप्तिदोषः एव प्रथमं तदेव पश्यामः खलु. यदा शृङ्गं तु सर्वासु गोषु भवति, तदर्थं तस्य अव्याप्तिदोषः अस्ति वा न वा इति पश्यामः. श्वेतरूपम् अव्याप्तिदोषः एव, तद् अतिव्याप्तिदोषः नास्ति इति.
इति अपि एकं चिन्तनं स्यात्. वर्गे अपि आगतमासीत् किन्तु प्रश्नः न प्राप्तः. परन्तु पारिभाषिकरीत्या अलक्षे वृत्तित्वम् इति वदन्ति अतिव्याप्तिदोषस्य. यथा लक्षैकदेशवृत्तित्वम् इति अव्याप्तिदोषस्य वदन्ति, तथा अलक्ष्ये वृत्तित्वं.
परन्तु क्रमः अस्ति इति मन्ये अहम्.
इत्युक्ते प्रथमं लक्ष्यसामान्येषु स्यात्, तदनन्तरम् अपरत्रापि. तद् न ज्ञायते भगिनि, प्रायः पृच्छामः. अस्तु पश्येम. किन्तु तत्र तु विवादः अस्ति एव इति भाति. अस्तु रवि महोदय अग्रे.
असम्भवदोषः तृतीयो दोषः असम्भवः. यः धर्मः न कस्मिन् अपि लक्ष्ये भवति तस्मिन् तस्मिन् आयाति. यथा केशरः सिंहजटाः गोः लक्षणम् इत्युक्तम्. तत्र गोजातीयानां जातीयानां जातीयायां कस्यामपि गविसधर्मः नास्ति इति तस्मिन् असम्भवो दोषः. जलक्षणः कस्मिन्नपि लक्ष्ये न वर्तते, तत् लक्षणम्
सत्यं. लक्ष्यं किम् अस्ति महोदय? गावः इति. तर्हि अधुना किं लक्षणम् इति स्वीकृतम्?
सिंहजटा.
इत्युक्ते सिंहस्य केशाः. तद्भवति वा गोषु?
न भवति.
गोजातीयायां कस्यामपि गवि सहधर्मः नास्ति इति कृत्वा कीदृशदोषः?
असम्भवदोषः अस्ति.
असम्भवदोषः. अस्तु अग्रे.
पूर्वोक्तशासनरूपधर्मः गवि वर्तते, अतः न असम्भवो दोषः. सर्वासु गोषु अस्ति इति न अव्याप्तिदोषः. एवम् अलक्षेषु अजमहिषादिषु न वर्तते इति न अतिव्याप्तिदोष अतिव्याप्तिः दोष इति निर्दिष्टं वा निर्दुष्टं शासनावत्त्वं गोः लक्षणम् इति उच्यते. अत्र शासना लक्षणेषु कोऽपि दोषः नास्ति, अव्याप्तिदोषः नास्ति, अतिव्याप्तिः अपि नास्ति, असम्भवदोषः अपि नास्ति. अतः सासना एव लक्षणम् इति उच्यते.
सासनावत्त्वं गोः लक्षणम् इति उच्यते. तत्र वत्त्वम् इति कथम् आगच्छति इति अग्रे परिशीलयिष्यामः. सासनावती गोः इति प्रथमम् आगच्छति. सासनावती गौः इत्युक्ते सासनावत्त्वं गवि अस्ति इति कृत्वा सासनावत्त्वं गोः लक्षणम् इति उच्यते. अस्तु, समीचीनं. तर्हि असम्भवदोषस्य पारिभाषिकरीत्या तत्र लक्ष्यसामान्यवृत्तित्वं, क्षम्यतां, लक्ष्यसामान्यावृत्तित्वम् इत्युक्ते लक्ष्यसामान्ये अवृत्तित्वम् इति उच्यते. असम्भवदोषः लक्ष्यसामान्ये न भवति एव, अवृत्तित्वम् इति. तर्हि आहत्य अव्याप्तिदोषः अस्ति लक्ष्यैकदेशावृत्तित्वम्, अतिव्याप्तिदोषः अस्ति अलक्ष्ये वृत्तित्वम्, अपि च असम्भवदोषः अस्ति लक्ष्यसामान्यावृत्तित्वम् इति. यः कोऽपि गुणः अथवा यत्किमपि लक्षणम् एतैः त्रिभिः दोषैः युक्तः अथवा ग्रस्तः अस्ति, तादृशं लक्षणं लक्षणाभासः एव, न तु लक्षणम् इति उच्यते. अस्तु, अधुना गन्धस्य विषये चिन्तनं कुर्मः. पृथिव्यां गन्धः अस्ति खलु रविमहोदय?
आम् अस्ति.
हा, तर्हि गन्धः इति अव्याप्तिदोषग्रस्तः वा?
नास्ति, अव्याप्तिदोषः नास्ति.
हा, किमर्थं?
पृथिव्यां गन्धः अस्ति.
पृथिवी यत्किमपि पार्थिववस्तु भवति तत्र गन्धः अस्ति. अस्तु, अतिव्याप्तिदोषग्रस्तः वा?
नास्ति, अतिव्याप्ति अपि नास्ति.
किमर्थं? अतिव्याप्तिदोषः इत्युक्ते अलक्ष्ये वृत्तित्वम्. अलक्ष्यम् इत्युक्ते पृथिवीं विहाय अन्यत् सर्वं, जलं, तेजः, वायुः इत्यादिकं. तर्हि गन्धः तेषु वर्तते वा?
वायोः गन्धः अस्ति वा न?
बालसुब्रह्मण्यमहोदय किं वदति?
अन्येषु पृथिवीं विहाय अन्येषु पदार्थेषु गन्धः नास्ति.
गन्धः नास्ति खलु. तर्हि रविमहोदय प्रथमपुटं पश्यतु. तत्र पुस्तकस्य प्रथमपुटे एव द्रव्याणि दत्तानि, नवद्रव्याणि, पृथिवी, जलं, तेजः, वायुः, आकाशः, कालः, दिगात्मा, मनः इति. तत्र गन्धः इति कुत्र अस्ति? केवलं पृथिव्यां खलु. तर्हि गन्धः इति पृथिव्याः विशिष्टगुणः, अन्यत्र नास्ति. किन्तु पृथिवीजातीयेषु सर्वेषु अस्ति गन्धः इति कृत्वा अव्याप्तिदोषः नास्ति गन्धे, अतिव्याप्तिदोषः नास्ति, असम्भवदोषः अपि नास्ति खलु. यतोहि लक्ष्यसामान्ये तस्य वृत्तित्वम् अस्ति एव इति कृत्वा गन्धः पृथिव्याः लक्षणम् इति उच्यते. अधुना अत्र जले गन्धः अनुभूयते कदाचित् खलु. दुर्गन्धजलम् अस्ति चेत् तस्मिन् गन्धः इति भवति एव. तत्र सुनीलमहोदय, कः विचारः भवतः तत्र?
वयं पूर्वं दृष्टवन्तः तत्र पृथिवीवस्तुना मिश्रितं भवति चेदेव जलस्य गन्धः भवति इति. अतः जले स्वाभाविकतया जले गन्धः नास्ति, परन्तु पृथिवी कणिकया किमपि मिश्रितं भवति चेदेव जले गन्धः भवति इति.
हा, समीचीनं. नाम जलमस्ति, जले पृथिवी मिश्रिता अस्ति, पृथिव्याः अंशाः सन्ति जले. अपि च गन्धः कुत्र भवति महोदय तर्हि?
गन्धः पृथिव्याम् एव भवति, परन्तु तत्र यदा जले मिश्रितं भवति चेत् तत्र अस्ति इति अनुभवः अस्ति.
हा अस्ति इति भाति इत्युक्ते हा गन्धः स्वम् इति स्वीकुर्मः, स्वम् इति गन्धः चेत् स्वस्य आश्रयः पृथिवी. पृथिवी जलयोः कीदृशसम्बन्धः महोदय?
पृथिवी जलयोः अत्र संयोगसम्बन्धः.
हा
द्रव्ययोः मध्ये संयोगसम्बन्धः इति.
हा समीचीनम् इति कृत्वा पृथिवीजलयोः संयोगसम्बन्धः. तर्हि तदा वदामः यत् गन्धः स्वाश्रयसंयोगेन जले अस्ति. स्वाश्रयसंयोगेन इति उच्यते. स्वम् इति गन्धः, स्वस्य आश्रयः नाम गन्धस्य आश्रयः पृथिवी, पृथिवी जले संयोगसम्बन्धेन इति कृत्वा आहत्य स्वाश्रयसंयोगेन इति आगच्छति इति अस्ति. रविमहोदय बुद्धं वा? अस्तु. तर्हि गन्धः अपरत्र कुत्रापि न भवति, जले तेजसि वायौ कुत्रचित् अपि न भवति, गन्धः पृथिव्यामेव भवति इति आगतम्. अस्तु, तस्मिन्नेव पुटे अग्रे अस्ति नित्यत्वादिविभागः इति विषयः. तत्र किमपि नास्ति, केवलं नित्यद्रव्यम् इत्युक्ते किम्, अनित्यद्रव्यम् इत्युक्ते किम् इति विवृतम् अस्ति. सर्वेषु लक्षणवाक्येषु वयं पश्यामः यत् अत्र पृथिव्याः लक्षणवाक्ये सा द्विविधा, नित्या नित्या च इति उक्तमस्ति खलु, तद्वदेव अपरेषां द्रव्याणां लक्षणवाक्ये अपि पश्यामः. नित्या 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 अथवा नित्याः नित्याः इति पश्यामः. नित्या परमाणुरूप नाम परमाणु इति नित्यद्रव्यं, तर्हि नित्या परमाणुरूप. अनित्या कार्यरूप इति उक्तं. कार्यरूप इत्युक्ते यद् जायते, यस्य जन्म भवति, तादृशमस्ति कार्यम्. इदं घट, इदानीं घटः इति पार्थिवपदार्थः अस्तु, तर्हि घटः अनित्यरूपा पृथिवी अस्ति. घटमिति कार्यं जायते, केनचित् कारणेन जायते घटम् इति, घटः इति कार्यमस्ति, तस्मिन् कार्यता अस्ति इति कृत्वा घटः अनित्या कार्यरूपा इति उच्यते. तर्हि आहत्य नित्यद्रव्यम् इत्युक्ते तादृशद्रव्यं यस्य जननमपि नास्ति, नाशः अपि नास्ति, नाम तस्य द्रव्यस्य प्रागभावः अपि नास्ति, प्रध्वंसाभावः अपि नास्ति. इत्युक्ते तस्मिन् द्रव्ये प्रागभावप्रतियोगिता अपि नास्ति, ध्वंसाभावप्रतियोगिता अपि नास्ति इति सारांशः. प्रागभावप्रतियोगित्वस्य अभावः नाम प्रागभावस्य प्रतियोगिता तस्मिन् द्रव्ये नास्ति, अपि च ध्वंसप्रतियोगित्वस्य अभावः इत्युक्ते ध्वंसाभावस्य अपि प्रतियोगिता नास्ति. तादृशद्रव्यमस्ति नित्यद्रव्यं. यस्मिन् द्रव्ये प्रागभावः, यस्मिन् द्रव्य, यस्य द्रव्यस्य प्रागभावः अथवा प्रध्वंसाभावः सम्भवति, तादृशद्रव्यमस्ति अनित्यद्रव्यम् इति उच्यते. तदेव शास्त्रीयरीत्या नैयायिकैः उच्यते यत् नित्यद्रव्यम् इत्युक्ते उत्पत्तिशून्यत्वे सति नाशशून्यत्वम् इति नित्यं, नाम तस्य उत्पत्तिः अपि नास्ति, नाशः अपि न भवति. उत्पत्तिशून्यत्वे सति नाशशून्यत्वम्. अनित्यम् इत्युक्ते तस्य उत्पत्तिः भवति, नाशः अपि भवति इति. उत्पत्तिशालित्वे सति नाशशालित्वम् इति आगच्छति अनित्यद्रव्यस्य परिभाषारूपेण. अस्तु, अत्र कोऽपि प्रश्नः वा कस्यचित्?
इदानीं ज्ञातं भगिनि, प्राग अभावः, प्रध्वंसाभावः किमर्थम् अस्ति तत्र अत्यन्त अभावस्थले? उत्पत्तेः अपि च उत्पत्तेः अथवा जन्म तस्य विवरणम् एव नास्ति. यस्य प्रागभावप्रतियोगित्वं नास्ति, ध्वंसप्रतियोगित्वं नास्ति, तदेव नित्यद्रव्यम् इति संज्ञा तदर्थमेव अस्ति इति मन्ये अहं. नो चेत् क्षणिकः एव खलु प्रागभावः उत्पत्तिः पूर्वक्षणे एव भवति.
हा हा समीचीनम् इति तैः उक्तमासीत्. तादृश अभावः नास्ति नित्यद्रव्येषु इति. अपि च तेषु दिनेषु वर्गे अपि प्रश्नः आगतः आसीत्. इदानीं परमाणुः इति अस्ति खलु, तर्हि परमाणोः प्रागभावः अपि नास्ति, प्रध्वंसाभावः अपि नास्ति इति अस्माकं चिन्तनमासीत्. तर्हि अन्यौ द्वौ अभावौ स्तः खलु, अत्यन्ताभावः अन्योन्याभावः इति तु स्तः. तस्य विषये किं चिन्तनमस्ति नित्यद्रव्यस्थले?
एषः प्रश्नः अद्य प्रभाते अपि आगतः. तत्र किञ्चित् अस्माकं चिन्तनम् एवमासीत्, तत् सम्यक् अस्ति वा पश्यतु. अत्यन्ताभावः यथा घटस्य भवति, इत्युक्ते एकस्मिन् स्थले भूतलस्य एकस्मिन् भागे घटस्य अत्यन्ताभावः अस्ति, तादृशमेव घटपरमाणोः अपि तत्र अभावः इति भवितुमर्हति. यथा घटस्य आनयनेन सः अभावः नश्यति, तथैव घटस्य परमाणोः आनयनेन अपि अभावः नश्यति. अतः अनित्यवस्तु अनित्यद्रव्यम् आनयामश्चेदपि तस्मिन्नपि अत्यन्ताभावप्रतियोगित्वम् अस्ति, परमाणौ अपि अत्यन्ताभावप्रतियोगित्वम् अस्ति इति कृत्वा अत्यन्ताभावस्य आधारेण वयं नित्यत्वम् अनित्यत्वं न निरूपयितुं शक्नुमः इति कृत्वा तद् अत्र न उल्लिखितम् इति. सम्यक् वा?
समीचीनं भगिनि, इति एव अस्ति. अपि च एकं करपत्रमपि अस्ति इति चिन्तयामि, अस्य विषये प्रेषयामि अनन्तरम्. इति एव विषयः, कश्चन परमाणुः अस्ति, यद्यपि परमाणु नित्यं तस्य अभावः न भवति इति चर्चा अस्ति, तथापि अन्योन्याभावः तु भवति एव खलु सर्वेषां पदार्थानां. यतोहि अन्योन्याभावस्य तात्पर्यमेव तादृशं, स्वं विहाय जगति सर्वत्र इति. तर्हि परमाणौ अपि अन्योन्याभावः भवति एव. अत्यन्ताभावविषये चिन्तयामश्चेत् एक पुस्तकस्य परमाणुः अस्ति, अस्तु पुस्तके एव अस्ति, अपरत्र नास्ति. अथवा पुस्तकम् उत्पीठिकायाम् अस्ति चेत् सः परमाणुः, पुस्तकस्य परमाणुः उत्पीठिकायाम् अस्ति, अपरत्र नास्ति इति कृत्वा तादृश अभावौ सम्भवतः इति चिन्तयामि. नाम अन्योन्याभावः अत्यन्ताभावः च, परन्तु परमाणूनां प्रागभावः अथवा प्रध्वंसाभावः न भवति एव इति वार्ता. अस्तु समीचीनं, तर्हि अग्रे गच्छेम. अधुना पृथिव्याः लक्षणम् अपरया रीत्या अपि वक्तुं शक्यते इति विचारः चर्चितः अस्ति. सरला भगिनी पठति वा?
अस्तु भगिनि,
अग्रिमपरिच्छेदद्वयं पठतु.
अस्तु. गन्धवती पृथ्वी, गन्धवत्व पृथ्वी लक्षणम् इत्यनयोः भेदनिरूपणम्. उभयविधपृथ्व्याः गन्धरूपस्य लक्षणस्य च अस्ति आधाराधेयभावः, तथा जलस्थले शीतस्पर्शः अपां लक्षणम् इति. अत्रापि शीतस्पर्श आधेय आपो जलम् अधिकरणम्. शीतस्पर्शे आधेयता, तन्निरूपिता अधिकरणता जले, अधिकरणता आश्रय जलम्, अधिकरणताश्रयत्वं जले अस्ति इति समन्वयः. लक्षणस्य लक्ष्ये विद्यमानत्वं यत् वर्णयते स समन्वय इति उच्यते. परन्तु सङ्ग्रहे गन्धवती पृथ्वी, शीतस्पर्शवत्य आपः इत्यादि लक्षणवाक्यानि लौकिकव्यवहार इव भवन्ति. यथा सास्नादिमति गौः इति लौकिकव्यवहार, यथा वा नीलो घट इति व्यवहारः. परन्तु नैयायिकव्यवहारे लक्षणवाचकं पदं ततः परं त्वतलादिभाववाचकप्रत्यय कृत्वा लक्षवाचकपदोत्तरं यषष्टि प्रयुञ्चते, यथा गन्धवतत्वं पृथ्व्याः लक्षणम् इति. गन्धवती पृथ्वी गन्धवत्वं पृथ्वी लक्षणम् इत्यनयोः भेदनिरूपणं यदि वयं वदामः गन्धवती पृथ्वी पृथ्वी इति अस्माकं लक्ष्यम् अस्ति गन्धवती तस्मिन् गन्ध तस्मिन् गुण अस्ति गन्धवती अधिकरणं सूचयति गन्धवती गन्धस्य अधिकरणं गन्धवती इति अधिकरणवाचकशब्दः सूचयति गन्धवत्वं पृथ्व्यां यत् गन्ध अस्ति गन्धवती तस्य भावः अस्ति गन्धवत्तत्वं तस्य समान अर्थः अस्ति गन्धस्य समानार्थं भवति गन्धवत्तत्वं पृथ्वीलक्षणम् तयोः मध्ये लक्षणं मध्ये किं भेदः अस्ति अतः वयं चर्चामः उभय विधा पृथ्व्या गन्धरूपं लक्षणं यदि वयं वदामः पृथ्वी अधिकरणम् अस्ति तस्य तस्मिन् गन्ध अस्ति तस्य आधाराधेय भवति आधार यदि अस्ति तस्मिन् आधेयता भवति सो गन्ध निष्ठ आधेयता निरूपिता अधिकरणता आश्रय पृथ्वी किन्तु तथैव शीतस्पर्श अस्ति जलस्य लक्ष गुण वा लक्षण सो शीतस्पर्श निष्ठ आधेयता निरूपयति अधिकरणता आश्रय जलं किन्तु एतत् यदि वयं वदामः तत् लक्षणं न सूचयति तस्य
लक्ष्यमेव सूचयति खलु
लक्ष्यमेव सूचयति सो लक्षण कथं सूचयामि तस् लक्ष्यस्य भावः किम् अस्ति तत् वयं मतु प्रत्य प्रयोजामः प्रयुज्महे शीतस्पर्श अस्ति जलस्य लक्षणं तस्मिन् मतु प्रत्य यदि वयं योजयामः शीतस्पर्श योग मतु प्रत्य शीत
इति अग्रे आगच्छति पश्येम तर्हि सारांशत्वेन गन्धवती पृथ्वी इत्यस्य वदनेन कस्य का विभक्ति भगिनि
गन्धवती पृथ्वी तस्य गन्धवती पृथ्वी तस्मिन् भवति भावगन्धवत्वं सो गन्धवत्
समीचीनं समीचीनं तद् भिन्नः विषयः गन्धवती उभयोः प्रथमा विभक्तिः खलु
पृथ्व्याः भवति षष्ठी विभक्ति
अधुना न आगतः गन्धवती पृथ्वी इति लक्षणवाक्ये वति इति मतुप्रत्ययः अस्ति इति सत्यं मतुप्रत्ययेन आधाराधेयभावः सूचितः मतुप्रत्ययः इत्युक्ते अस्य अस्मिन् वा नाम पृथिव्यां गन्धः अस्ति अतः गन्धवती इति आगच्छति इति सत्यम् आधाराधेयभावः सूचितः अस्ति अपि च अत्र स्थूलाक्षरे लिखितं प्रथमपरिच्छेदे लक्षणस्य लक्ष्ये विद्यमानत्वं यत् वर्ण्यते सः समन्वयः इत्युच्यते गन्धवती पृथ्वी इति दर्शनेन तदपि आगच्छति लक्ष्ये लक्षणस्य विद्यमानत्वम् अस्तित्वम् आधेयता अस्ति इति आगच्छति अनेन अधिकरणताश्रयत्वम् इति अपि आगच्छति लक्ष्यस्य नाम शीतस्पर्शः शीतस्पर्शस्य शीतस्पर्शे या आधेयता अस्ति तस्याः अधिकरणताश्रयत्वं जले अस्ति इति समन्वयः आगच्छति इति सत्यम् परन्तु प्रथमाविभक्त्याः प्रयोगेण यथा पृथिव्याः अस्ति प्रथमाविभक्ति अत्र न तु गन्धस्य खलु हा शीतस्पर्शवत्यः आपः इत्यत्रापि समाना एव स्थितिः कस्य प्रथमाविभक्ति
अधिकस्य अपि शीतस्पर्शस्य द्वयोः प्रथमा
विभक्तिः आपः इति अधिकरणं तस्य प्रथमा विभक्ति नाम लक्ष्यं यदस्ति तस्य प्रथमा विभक्तिः अस्ति आपः इति नित्यबहुवचनान्तपदं जलम् इति अर्थः तर्हि सर्वत्र सास्नादिमती गौः इत्यत्रापि गोः एव प्रथमा विभक्ति
प्रथमा विभक्त्या
लक्ष्यं सूचयति न तु लक्षणं परन्तु नैयायिकव्यवहारे लक्षणवाचकपदं यदस्ति तस्मात् पदात् कीदृशप्रत्ययः युज्यते त्वतलादिभाववाचकप्रत्ययौ स्तः त्व अपि च तल् इति सुन्दरः सुन्दरत्वम् इति अथवा तल् इत्युक्ते ता इति आगच्छति अन्ते सुन्दरता तादृशभाववाचकप्रत्ययं कृत्वा लक्षणवाचकपदं वदति चेत् तत्र कथं भवति वाक्यं
गन्धत्वं पृथ्व्याः लक्षणं तत्र लक्षणं भवति प्रथमा विभक्ति अधिकरणं भवति षष्ठी विभक्ति
समीचीनम् इति कृत्वा तत्र लक्षणस्य निर्देशः प्राप्तः खलु लक्षणं किं यः कोऽपि पृच्छति चेत् भवत्याः नाम किम् इति तदपि प्रथमा विभक्त्यां भवति साक्षात् यस्य निर्देशः भवति तत् प्रथमा विभक्त्यां खलु एषः रामः इति वदामश्चेत् रामस्य निर्देशः एषः श्यामः तद्वत् लक्षणम् इति अस्ति अत्र प्रथमा विभक्त्यां लक्षणं किम् इत्युक्ते अस्मिन् वाक्ये
लक्षणं किम् अस्मिन् वाक्ये
अथवा पृथिव्याः लक्षणं किम् इत्युक्ते गन्धवत्त्वं पृथिव्याः लक्षणम् इति उत्तरम् आगच्छति एतदेव इष्टं नैयायिकैः
भगिनि मम एकः प्रश्नः अस्ति शीतस्पर्शवत्यः कथं वत्य अस्ति आपः इति पुल्लिङ्गशब्दः अस्ति
न नित्य बहुवचनान्त स्त्रीलिङ्गशब्दः शीतस्पर्शवती इति एकवचने वत्यः यथा नद्यः तथा शीतस्पर्शवत्यः
आपः वत्य नदी नद्यः किन्तु आपः स्त्रीलिङ्गस्य आपः
सत्यं स्त्रीलिङ्गपदमस्ति अस्तु इतः अग्रे गन्धवत्वम् इति कथं निर्मीयते पदम् इति पश्येम सुनीलमहोदया पठति वा अग्रे
तेषाम् अयम् आशयः लक्ष्यगतं कञ्चन असाधारणं धर्मं ज्ञात्वा आश्रयस्य लक्ष्यस्य ज्ञानं लक्षणविचारे इष्टं प्रथमान्तपदैः असास्नादिमती गन्धवती शीतस्पर्शवत्यः इत्यादिभिः तु लक्ष्यमेव निर्दिश्यते न तु तद्वदधर्मः सास्नादिमती का गौः एव गन्धवती का पृथिवी एव शीतस्पर्शवत्यः का आपः एव एवं च लक्ष्यवाचकपदस्य या विभक्तिः तस्य मानविभक्तित्वं विभक्तिकं यदि लक्षणवाचकपदं भवेत् तदा विद्यमानमपि आधाराधेयभावः न बुद्ध्येत अतः तद् ज्ञानाय लक्षणवाक्यं तथा स्यात् तथा स्पष्टः धर्मबोधः स्यात् अतः गन्धवती इत्यत्र यः मधुप्रत्ययः ततः भावप्रत्ययः कार्यः तथा च गन्धवती त्वा इति गन्धवत्व इति पदं भवति तत्र विद्यमानेन भावप्रत्ययेन भावः धर्मः बोध्यते स च भावः गन्धसमानकक्ष्यः इति भवति अतः गन्धवत्वम् इत्यस्य गन्धः एव अर्थः अतः एव प्रसिद्धः नियमः मत्वर्तीयात् भावप्रत्ययः प्रकृत्यर्थं गमयति इति अत्र इदानीं पूर्वं दृष्टवन्तः रूपद्वयम् अस्ति अत्र गन्धवती पृथिवी अथवा गन्धवत्वं पृथिव्याः लक्षणम् इति प्रथमवाक्ये प्रथमाविभक्तिः द्वितीयवाक्ये षष्ठी उपयुज्य प्रथमवाक्ये गन्धवती पृथिवी इति पृथिव्याः सूचना एव इतोपि प्रथमाविभक्तिः उपयुज्य द्वितीयवाक्ये गन्धवत्वं पृथिव्याः इति लक्षणमिति दृष्टवन्तः अतः प्रथमवाक्ये किञ्चित् क्लेशः भवति इत्युक्ते अत्र द्वयमपि प्रथममध्ये भवति इति कारणेन अतः गन्धवत्वं पृथिव्याः लक्षणमिति वदामः चेत् अत्र आधार अध्ययभावः स्पष्टतया भवति इति अनन्तरम् अत्र गन्धवती इत्यत्र मधुप्रत्ययः इति वयं दृष्टवन्तः तत्र भावप्रत्ययः अपि अस्ति अतः गन्धवती तत्रत्वयोजनेन गन्धवत्व इति पदं भवति इति अतः तत्र भावप्रत्ययेन भावः धर्मः अपि बोध्यते यदा गन्धवत्वम् इत्यस्य धर्मः एव अर्थः इति तत्र नियमः अपि अस्ति मत्वर्थीयात् भावप्रत्ययः प्रकृत्यर्थं गमयति इति यदा गन्धः मतुप् त्वा इति गन्धः इति शीतस्पर्शः मतुप् त्वा इति शीतस्पर्शः सास्ना मतुप् त्वा इति सास्ना इति
हा समीचीनं तर्हि मत्वर्थीयात् भावप्रत्ययः प्रकृत्यर्थं गमयति इति उक्तमस्ति खलु तत्र प्रकृतिः कः अत्र प्रकृतिः इत्युक्ते किम्
अत्र अस्मिन् उदाहरणे गन्ध शीतस्पर्श सास्ना इति अत्र अस्ति
हा हा सम्यक् तर्हि गन्धः इति प्रकृति इति चेत् गन्धात् मत्वर्तीयप्रत्ययं मतुप्रत्ययं योजयामश्चेत् तदा मत्वर्तीयः भवति
गन्ध मतुप्रत्यययोजनेन गन्धवती पुनः त्वप्रत्ययोजन पुनः गन्धः इति भवति
हा पुनः गन्धवत्वम् इति भवति तर्हि हा चित्रमपि पश्यति चेत् गन्धः कुत्र अस्ति
गन्धः पृथिव्याम् अस्ति
पृथिव्याम् अस्ति अतः पृथिवी कीदृशी
गन्धवती अस्ति
गन्धवती पृथिवी इति इदानीम् अधोगमनार्थं वती अथवा मतुप्रत्ययः तत्र योजितः अस्ति गन्धवती पृथिवी इति आगतम् इदानीं त्वप्रत्यययोजनेन पुनः कुत्र गच्छामः
तत्र भावं प्रदर्शयति अतः अत्र धर्मः इति अतः गन्धवत्वं पृथिव्याः लक्षणम् इति भवति
हा समीचीनम् इत्युक्ते गन्धवती इत्यस्मात् पुनः उपरि गमनार्थम् अथवा भावस्य निष्पादनार्थं त्व युज्यते चेत् गन्धवत्वं गन्धवत्वम् अपि च गन्धः उभयोः समानकक्षः भवति इति कक्षा भवति इति इत्युक्ते सेम् लेवेल् इति अत्रापि अस्ति खलु टिप्पणीरूपेण सेम् फ्लोर् तर्हि गन्धः अपि च गन्धवत्वम् उभयोः समानकक्षा इति कृत्वा मत्वर्थीयात् भावप्रत्ययः प्रकृत्यर्थमेव गमयति इत्युक्ते गन्धवत्वम् इत्युक्ते गन्धः एव स्पर्शवत्वम् इत्युक्ते स्पर्शः एव इति आगच्छति अन्ततो गत्वा अनेन गन्धः पृथिव्याः लक्षणम् अथवा गन्धवत्वं पृथिव्याः लक्षणम् इति आगच्छति अस्तु समीचीनं तर्हि अनेन आधाराधेयभावः समीचीनतया भुद्यते इति कृत्वा तादृशप्रयोगः कृतः गन्धवत्वं पृथिव्याः लक्षणम् इति अस्तु अग्रे पठेम सन्ध्या भगिनी अग्रिमपरिच्छेदद्वयं कृपया
किञ्चित् कस्मिन् पुटे अस्ति क्षम्यताम्
एकचत्वारिंशत्तमे पुटे
तथा च गन्धः इति वा
न भगिनि तत्र हा तथा च सास्नावत्वं
हा तथा च सास्नावत्वम् इत्यनेन सास्ना गन्धवत्वम् इत्यनेन गन्धः शीतस्पर्शवत्वम् इत्यनेन शीतस्पर्शः बोध्यते. अतः आधाराधेयभावः धर्मधर्मिभावः सुस्पष्टः भवति. इदमेव शास्त्रे तटस्थलक्षणम् इत्युच्यते. अत एव रूपरहितस्पर्शवान् वायुः इति सङ्ग्रहवाक्यं रूपरहितत्वे सति स्पर्शवत्वं वायोर्लक्षणमिति ग्रन्थकारैः व्याख्यायते. तर्हि एतत् प्रतिपाद्य अग्रे गच्छामि वा?
अस्तु, तथैव करोतु.
तर्हि यथा वयं गन्धवत्वम् इत्यस्य विषये दृष्टवन्तः, गन्धवत्वम् इत्युक्ते गन्धः एव, तथैव सास्नवत्वम् इत्युक्ते सास्ना एव, अनन्तरं शीतस्पर्शवत्वम् इत्युक्ते शीतस्पर्शः एव. इत्युक्ते यथा तत्र मतुप्रत्ययेन प्रकृति एव दर्श्यते इति तदेव अस्ति. अतः तेन किं भवति, आधाराधेयभावः इति सर्वं स्पष्टं भवति तेन. अपि च कः धर्मः, कः धर्मी कः इत्यपि तत्र स्पष्टं भवति. तर्हि एतादृशं यदा लक्षणम् उच्यते तर्हि तटस्थलक्षणम् इति तस्य नाम, तस्य लक्षणस्य. अतः अग्रे गत्वा वायोः विषये यद् लक्षणं वायोः इति वदामः, रूपरहितत्वे सति स्पर्शवत्वम् इत्यत्रापि तादृशम् एव दृश्यते, आधाराधेयभावः इति, अपि च तटस्थलक्षणम् इति तादृशं. तद् अन्तिमवाक्यं बहु स्पष्टं नास्ति मम.
किं वाक्यं भगिनि?
अत एव रूपरहितस्पर्शवान् वायुः इति सङ्ग्रहवाक्यं रूपरहितत्वे सति स्पर्शवत्वम् इति. ओ, तर्हि रूपरहितस्पर्शवान् वायुः इत्येतस्य वाक्यस्य एव अर्थः रूपरहितत्वम् अस्ति चेदपि स्पर्शवत्वम् अस्ति इति वायोः लक्षणम् इति तथा उच्यते इति.
रूपरहितत्वे सति वा स्पर्शव, आम् सत्यं, रूपरहितः वायुः खलु, वायोः रूपं नास्ति किल, किन्तु स्पर्शः,
स्पर्शः अस्ति इति.
हा, स्पर्शः अस्ति इति. अस्तु, यतोहि अस्मिन् विषये स्मः, तदर्थं किञ्चित् चिन्तनमपि कुर्मः. अत्र सर्वत्र अग्रे लक्षणवाक्यानि आगच्छन्ति खलु, शीतस्पर्शवत्यः आपः, उष्णस्पर्शवत् तेजः, रूपरहितस्पर्शवान् वायुः इति वाक्यानि सन्ति. सर्वत्र वयं पश्यामश्चेत् एकं गुणम् अधिकृत्य लक्षणवाक्यम् उच्यते. शीतस्पर्शवत्यः आपः इत्युक्ते शीतस्पर्शः अपाम् अस्ति इति, अप्सु प्रायः, हा अस्ति सप्तमी भक्ति. हा, उष्णस्पर्शवत् तेजः इत्युक्ते उष्णस्पर्शः तेजसि अस्ति इति. परन्तु वायोः स्थले रूपरहितस्पर्शवान् वायुः इति दलद्वयम् अस्ति. तत्र किं कारणम् इति किञ्चित् वदति वा सन्ध्या भगिनी?
तत्र पुनः अतिव्याप्तिः अनन्तरम् अव्याप्तिदोषनिवारणार्थमेव तत्र केवलं रूपरहितत्वम् इति वदामश्चेत् तत्र वायोः वायुमारभ्य तत्र अग्रिम यानि द्रव्याणि भवन्ति तत्र सर्वत्र रूपरहितत्वम् अस्ति. तथैव स्पर्शवत्वम् इति वदामश्चेत् पृथिव्याम् अप्सु तेजसि अपि स्पर्शः अस्ति. अतः केवलं रूपरहितत्वम् इति वदामश्चेत् कस्मिंश्चित् द्रव्येषु अतिव्याप्तिः, केवलं स्पर्शवत्वम् इति वदामश्चेत् अन्येषु द्रव्येषु अतिव्याप्तिः. तस्य निवारणार्थमेव रूपरहितत्वम् अपि अस्ति परन्तु स्पर्शवत्वम् अपि अस्ति इति यदि वदामश्चेत् तत् केवलं वायोः लक्षणं भवति इति कृत्वा तथा दलद्वयमस्ति वायोः लक्षणस्य.
हा, समीचीनमस्ति. दलद्वयमपि आवश्यकम् इति आगच्छति. अस्तु भगिनि, अत्र कोऽपि प्रश्नः वा कस्यचित्? अस्तु भगिनि, अग्रिमपरिच्छेदं पठतु.
तथा च गन्धः आधेयश्चेत् तत्र आधेयता तन्निरूपिता अधिकरणता पृथिव्याम्, अधिकरणतावती पृथिवी, अधिकरणतावत्त्वं पृथिव्याम् इति गन्धनिष्ठ आधेयतानिरूपित अधिकरणतावत्त्वं पृथिवीलक्षणं फलितम्. तर्हि तत्र पुनः आधाराधेयभावः अनन्तरं कुत्र अस्ति इति सर्वं तत् दृष्ट्वा तत्र दीर्घवाक्यं पृथिव्याः लक्षणं किम् इति चेत् गन्धनिष्ठाधेयता निरूपित अधिकरणतावत्त्वम् इति पृथिव्याः लक्षणम् इति वाक्यम् आगच्छति. तत्र गन्धवती पृथिवी इति तत्र गन्धवती पृथिवी इति लक्षणं यद्यपि अस्ति तथापि शास्त्रीयदृष्ट्या पृथिव्याः लक्षणं किम् इत्युक्ते एतत् दीर्घपदम् इति.
हा समीचीनम् इति एतत् दीर्घं वाक्यं यदस्ति तत् अथवा गन्धवत्वं पृथिव्याः लक्षणम् इत्यनेन अपि एषः एव अर्थः अवगम्यते इति. अस्तु सम्यक् अस्ति. अन्ते गत्वा जललक्षणे अपि एवमेव वाक्यमागच्छति शीतस्पर्शवत्यः आपः अथवा शीतस्पर्शनिष्ठ अधेयता निरूपित अधिकरणतावत्त्वम् अपाम् अथवा जलस्य लक्षणं. पुनः तेजोलक्षणे अपि उष्णस्पर्श निष्ठ अधेयता निरूपित अधिकरणतावत्त्वं तेजसः लक्षणम् अथवा उष्णस्पर्शवत्वं तेजसः लक्षणम् इति आगच्छति. अस्तु अग्रिमे पुटे वाक्यत्रयं दत्तमस्ति. पुष्पा भगिनी एकवारं पठति वा लक्षणवाक्यानि इति उच्यते वाक्यानां समूहः वस्तुतः किन्तु पुष्पा भगिनी अस्ति किम्
अस्मि भगिनि एकनिमिष एकनिमिष त्रि शीतस्पर्शवत्वम् आप
शीतस्पर्शवत्यः आपः
शीतस्पर्शवत्य आपः ताः त्रिविधाः त्रिविधाः नित्या अनित्याश्च नित्याः परमाणुरूपाः नित्या अनित्या च नित्याः परमाणुरूपाः अनित्याः कार्यरूपाः पुनः त्रिविधाः शरीरेन्द्रिय विषयभेदात् शरीरं वरुणलोके इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति रसनं जिह्वा अस्तु विषयः सरित् समुद्रादिः तत् अहं न अवगम्यम्
किञ्चित् वदामि अत्र शीतस्पर्शवत्यः आपः इति तु अवगम्यते शीतस्पर्शः यत्र तादृशवस्तु अस्ति जलं पुनः ताः द्विविधा नित्या अनित्याश्च नित्याः परमाणुरूपा तत्सर्वं सरलमेव पुनः त्रिविधा शरीरेन्द्रियविषयभेदात् यथा पृथिवीस्थले अपि आसीत् शरीरं वरुणलोके इति उक्तं तेषु दिनेषु चर्चा जाता आसीत् यद् एवं वदति चेत् शरीरं वरुणलोके इत्युक्ते पृथिवीस्थले शरीरम् अस्मदादीनाम् इति आसीत् खलु अस्माकं शरीरं प्राणिनां सस्यानां शरीरं किन्तु शरीरं वरुणलोके इति वदन्ति चेत् तत्र देवतानामेव पुराणम् आधारीकृत्य देवतानां तादृशं शरीरं स्यात् इति उक्तमासीत् तर्हि हा वरुणलोकः इति कश्चन लोकः तत्र शरीरम् अस्ति जलस्य इति इन्द्रियं रसग्राहकम् रसनं जिह्वाग्रवर्ति तत्र इन्द्रियं किम् अस्ति पुष्पा भगिनी जलस्य जलीयम् इन्द्रियं किम् अस्ति
इन्द्रियं तु श्रवणं
न न एकनिमिष एकनिमिष मम प्रश्नः अस्ति भगिनी जलीयम् इन्द्रियं किम् अस्ति
जलीयम्
इति भवती पठितवती इन्द्रियं रसग्राहकं रसनं
जिह्वा
जिह्वाग्रवर्ति नाम जिह्वा इति अवयवः शरीरावयवः तद् नास्ति सः इन्द्रियं नास्ति सा जिह्वा इति शरीरावयवः तावदेव जिह्वायाः एकस्मिन् भागे रसनम् इति इन्द्रियम् अस्ति इति तैः उच्यते. रसस्य ग्रहणं नाम जले रसः इति गुणः अस्ति खलु, तस्य ग्रहणं करोति रसनम् इति जलीयम् इन्द्रियम् अस्ति. विषयः तु सरित् समुद्रादिभिः. सरित् इति जानीमः, सरित् इत्युक्ते जलं यत्र कुत्रापि भवति, तडागः तादृशं, समुद्रादिः इति जलीयविषयाः. अस्तु अग्रे पठतु. किं भगिनि?
लेक् अस्ति न,
लेक् इति अहं चिन्तयामि खलु.
अस्तु भगिनि,
प्रायः सः सरित् इत्युक्ते प्रायः स्ट्रीम्, क्रीक्, रिवर् सर्वम् अस्ति. अस्तु अग्रे पठति वा भगिनि.
उष्णस्पर्श स्पर्शवत् तेजः, तद्विविधं नित्यम् अनित्यं च. नित्यं परमाणुरूपम्, अनित्यं कार्यरूपम्, पुनः त्रिविधं शरीरे शरीर इन्द्रिय विषयभेदात् शरीरम् आदित्यलोके इन्द्रियं रूपग्राहकं, चक्षुः कृष्णताराग्रवर्ति. विषयः चतुर्विधः,
भौमदिव्योदयकरजभेदात्. अस्तु अग्रे.
भौमं वह्व्यादिकम् अभिन्दनं दिव्यं विद्युदादि भुक्तस्य परिणामहेतुः उदर्यम् आकरजं सुवर्णादि. आकरजं तु न जानामि.
अस्तु अत्र किञ्चित् वक्तव्यमस्ति. अन्यत् सर्वं स्पष्टमिति भाति. उष्णस्पर्शवत् तेजः, पुनः नित्यम् अनित्यम् इति द्विविधा विभजनम् इति सर्वं.
इत्युक्ते
एकनिमिषः. अस्तु इन्द्रियं तु चक्षुः, रूपग्राहकं, कृष्णताराग्रवर्ति. नाम चक्षुः इत्युक्ते ऐस् इति नास्ति, कृष्णतारा इति यद् वदन्ति तत्र नाम ब्लाक् अस्ति खलु, तस्मिन् इन्द्रियम् अस्ति इति. विषयः पुनः त्रिविध. भौमम् इत्युक्ते भूमौ विद्यमानं भौमं, तादृशम् एकविधविषयः अग्नेः अथवा तेजसः. भौमं भूमौ यः वह्निः अस्ति तादृशं भौमं. दिव्यम् अभिन्धनं दिव्यं विद्युदादिः इति उच्यते. अभिन्धनम् इति किम् इति अग्रिमपुटे तेजोग्रन्थे इति पश्यति वा भगिनि, पेज् 43 मध्ये उपरितनभागे.
तेजोग्रन्थे अभिन्दनम् इति, तेजोग्रन्थे अभिन्दनम् इति आपः जलं निमित्तकारणं यस्य तत् विद्युदादि. अस्तु सुवर्णस्य तेजोरूपता वेदबोधिता अग्रेरपत्यं प्रथमं हिरण्यम् इति
श्रुतेः. अत्र अभिन्दनम् इत्युक्ते किम् इति अत्र उल्लिखितमस्ति. आपः अथवा जलं निमित्तकारणं यस्य तद् अभिन्दनम्. अभिन्दनम् अपि एकविधविषयः तेजसः. आपः जलम्, आपः इत्युक्ते जलम् इति जानीमः. जलं यस्य कारणमस्ति तादृशमस्ति अभिन्दनम्. अप् इन्धनं यस्य, इन्धनम् इत्युक्ते फ्यूयल् इति अस्ति खलु, तर्हि हा तर्हि जलेन यद् जायते, जलम् इन्धनं यस्य तद् अभिन्धनं, तदेव अत्र दिव्यम् इत्यपि उक्तमस्ति. नाम वृष्टिकाले यद्विद्युत् अथवा तडित् दृश्यते आकाशे, लैट्निङ्ग् इति तादृशमस्ति दिव्यम्. अस्तु, इदानीं तृतीयमस्ति उदर्यम् इति. उदरः इति तु जानीमः, स्टमक् इति. भुक्तस्य परिणामहेतुः उदर्यम्. उदरे यः अग्निः अस्ति, जठराग्निः वा अथवा यः कोऽपि अग्निः पचनस्य कार्यं करोति, पचनस्य हेतुः भवति, तादृशम् उदर्यम् अस्ति इति तृतीयः विषयः तेजसः. अस्तु, सुवर्णादिः नाम सुवर्णम् अथवा ताम्रं, यः कोऽपि लोहं भवतु, तद् आकरजं, तदपि आकरजम्. आकर इत्युक्ते मैन् इति, आकरे जायते इति आकरजं. सुवर्णादि लोहं यत्किमपि अस्ति तदपि तेजसः एकः विषयः, इत्युक्ते सुवर्णं तैजसं द्रव्यम् इति आगच्छति.
आकरजं तु मैण्ड्
मैण्ड् मैण्ड् मैण्ड् इति
मैण्ड् इट्सेल्फ् इस् आकरजम्.
हा, मैन् इत्युक्ते ऐरन् स्टील् यत्र यत्र कुत्रापि उन्नयामः तद् मैन्, तादृशमस्ति आकरजम्. अस्तु, तर्हि अनेन सिद्ध्यति यत् सुवर्णम् इति तैजसं द्रव्यमस्ति, इत्युक्ते सुवर्णम् इति तेजः अस्ति. तत् किं, तत् कथं साधयन्ति नैयायिकाः इति तेषां तर्कपङ्क्तिं जानीमः अनेन करपत्रेण. मया एकं करपत्रं प्रेषितं, पुरतः अस्ति वा?
नास्ति भगिनि.
अस्तु भगिनि, तर्हि शृणोतु. सावित्री भगिनी, करपत्रम् अस्ति वा?
एकनिमिषः. अस्ति भगिनि, एकः प्रश्नः. अत्र तेजसः लक्षणे अपि पाम लक्षणे अपि तत्र स्पर्शवत्वम् इति अस्ति, शीतस्पर्शः अस्ति, उष्णस्पर्शः अस्ति, तथापि केवलं वायोः कृते एव त्वग् इति इन्द्रियमस्ति, परन्तु उष्णस्पर्शवत्वम् अस्ति चेदपि तेजसः केवलं रूपग्राह्यकं यः यद् इन्द्रियमस्ति चक्षुः, तत् तस्य इन्द्रियमस्ति. अपि च अत्रापि रसग्राहकं यदस्ति अपां, तदेव इन्द्रियमस्ति, न तु त्वक् इति. तर्हि तत्र किमर्थमिति प्रश्नः आगतः.
अस्तु, नाम हा स्पर्शः तु त्रिषु अपि द्रव्येषु अस्ति, किन्तु एतस्यैव त्वक् इति इन्द्रियं किमर्थम् इति खलु. प्रायः अहं चिन्तयामि, यतोहि रूपम् इति विलक्षणगुणः अस्ति तेजसि. रूपग्राहकम् अस्तु, रूपं कुत्र कुत्र अस्ति? पृथिव्यादि त्रिकम् इति यदस्ति तत्र तत्र अस्ति खलु.
सत्यं.
तर्हि प्रष्टव्यमस्ति भगिनि.
तर्हि प्रायः एवमस्ति वा, तानि अपि इन्द्रियाणि इत्युक्ते पृथिव्यां स्पर्शः अपि अस्ति, अनन्तरं रूपमपि अस्ति, अतः त्वचा अपि ज्ञायते, चक्षुषा अपि ज्ञायते, परन्तु गन्धः केवलं तत्रैव अस्ति इति कृत्वा तत्र घ्राणं एव तस्य, यथा यथा असाधारणधर्मः केवलं तस्य इति कृत्वा तद् केवलं घ्राणेन एव पृथिव्याः तत्र ग्रहणं भवति इति कृत्वा तादृशं वा अत्रापि?
अस्तु, मम चिन्तनम् एवम् अस्ति. अधुना नवद्रव्याणि सन्ति खलु, तत्र प्रायः मनः, आत्मा, दिक्, कालः, आकाशः, वायुः तादृशक्रमेण आगच्छामश्चेत् प्रथमवारं तेजः इत्यस्मिन् रूपम् आयाति, तावत्पर्यन्तं रूपं नास्ति इति इति कृत्वा यदा रूपं भवति तत्र तेजस्तत्वं, तेजस्तत्वः किमपि स्यात् अपरेषु द्रव्येषु इति अपि भव अस्ति वा इति मम चिन्तनमस्ति. यतोहि इत्युक्ते इदानीं मनः आत्मा दिक् कालः आकाशः वायुः तादृशक्रमेण आगच्छामश्चेत् तेजः इति प्रथमं द्रव्यम् अस्ति यस्मिन् रूपं जायते खलु. ततः अग्रे जले अपि एकं जले तदा रूपमपि अस्ति रसः अपि अस्ति. तर्हि प्रथमवारं जले रसः आगच्छति. तदनन्तरं प्रथमवारं गन्धः इति एतस्मिन् पृथिव्याम् आगच्छति. तथा पश्यामश्चेत् प्रायः तेजः इति कश्चन विलक्षणगुणः अस्ति वा, क्षम्यताम्, रूपम् इति विलक्षणगुणः अस्ति वा तेजसि इति मम चिन्तनमस्ति. तर्हि पृथिव्यां यदि रूपम् अस्ति तर्हि किन्तु प्रष्टव्यः अयं प्रश्नः मम मनसि अपि आसीत् किन्तु उत्तरं न लब्धं. पश्यामः.
धन्यवादः.
अस्तु तर्हि अन्ततो गत्वा सुवर्णं तैजसं द्रव्यम् इति साधयन्ति कथम् इति पश्येम. भगिनी पठति वा, सावित्री भगिनी?
अत्र सुवर्णमिति लोहश्रेण्याम् एकः प्रतिनिधिः वा अथवा सुवर्णमेव वा?
लोहम् इत्यस्मिन् अन्तर्भूतमस्ति सुवर्णम् इति अस्ति अस्मिन् पत्रे.
अस्तु अस्तु. तर्कसङ्ग्रहः इति ग्रन्थे सुवर्णं तैजसम् इति उक्तं. पतनस्य आशयः एवं यत् सुवर्णे तेजः मुख्यांशः. पृथिवी अपि अस्ति यथा अस्माकं शरीरे पृथिवी इति मुख्यांशः, किन्तु जलम्, अग्निः, वायुः, आकाशः इति द्रव्याणि अपि सन्ति. तथैव सुवर्णे तेजः अपि अस्ति, पृथिवी अपि अस्ति इति नैयायिकानां मतम्. अत्र सुवर्णम् इत्यस्य वदनेन सर्वे लोहम् अन्तर्भूतम्. सुवर्णं रजतम्, अयः, ताम्रम् इत्यादिकम्. अस्तु, अत्र अग्रे पठामि वा अथवा
अग्रे पठतु भगिनि? एतत् स्पष्टं स्यात् खलु?
स्पष्टमस्ति.
ग्रन्थे सुवर्णं तैजसम् इति उक्तम् इत्युक्ते किं, पृथ्वी अपि अस्ति सुवर्णे, तेजः अपि अस्ति, अस्माकं शरीरे अपि तथा अस्ति, पृथ्वी इति 50% यावत्, अन्यत् सर्वम् अन्यानि इति. हा अस्तु, अधुना पार्थिवं किमर्थं वदन्ति ते इति अग्रे अस्ति.
पूर्वपक्षः. सुवर्णं पार्थिवं द्रव्यं, पूर्वपक्षी प्रायः चार्वाकः, पूर्वपक्षिणः अनुमानद्वयं. सुवर्णं पार्थिवं पीतरूपवत्वात् हरिद्रावत्. सुवर्णे पीतरूपम् अस्ति, परन्तु पीतरूपं केवलं पृथिव्यां भवति. तेजसि भास्वरशुक्लरूपं जले अभास्वरशुक्लरूपम्. अन्यत् सर्वं रूपं पृथिव्यामेव. अतः सुवर्णस्य पीतरूपत्वात् सुवर्णं पृथिवी एव भवेत्. यथा हरिद्रा, हरिद्रा पीतरूपवती, अतः पार्थिवद्रव्यं. तथैव पीतरूपवत्वात् सुवर्णम् अपि पृथिवी भवेत्. अस्तु, अत्र पूर्वपक्षी चिन्तयति यत् सुवर्णं पार्थिवं द्रव्यम् इति. अत्र पूर्वपक्षी इत्युक्ते चार्वाकः इति लिखितमस्ति. तत्र अनुमानद्वयं भवति. सुवर्णे पीतरूपम् अस्ति, यथा हरिद्रायां तथैव
हरिद्रायां
सुवर्ण. वयं तु जानीमः रूपं पृथिव्यां भवति इति. अपि च हरिद्रायामपि भवति. तदर्थं सुवर्णं पृथिवी एव इति प्रथमदलम् अस्ति. तेजसि भास्वरशुक्लरूपम् अस्ति, यथा जले अभास्वरशुक्लरूपम् अस्ति. अन्यत् सर्वे यत्किमपि रूपं भवतु, रक्तरूपं वा, श्वेतरूपं वा, पीतरूपं वा, तत्सर्वं पृथिव्यामेव भवति. अतः सुवर्णस्य
पीतरूपं दृष्ट्वा सुवर्णं पृथिवी एव इति तेषां चिन्तनं भवत् भवेत् इति
हा इति तु एकमस्ति. अनेन तर्केण पीतरूपत्वात् पीतरूपं पृथिव्याम् अस्ति इति कृत्वा सुवर्णमपि पार्थिवं द्रव्यम् इति एकं तर्क एकः तर्कः. अपरः तर्कः भगिनी अग्रे अस्ति.
सुवर्णं पार्थिवं जलभिन्नत्वे सति गुरुत्वात् पुस्तकवत् सुवर्णं पार्थिवं गुरुत्वात् सुवर्णम् उपरिष्टात् त्यजामश्चेत् पतति यतोहि तस्मिन् गुरुत्वम् अस्ति. पृथिव्यां जले सैव गुरुत्वं लभ्यते. उभयत्र गुरुत्वम् अन्यत्र कुत्रापि गुरुत्वं न लभ्यते. यथा तेजसि गुरुत्वं नास्ति अग्नेः दीपस्य च प्रकाशः उपरि अपि गच्छति अधः अपि गच्छति यतोहि तेजसि गुरुत्वं नास्ति. परन्तु सुवर्णम् अधः एव पतति अतः तस्मिन् गुरुत्वं गुरुत्वं पृथिव्यां जले एव इति उक्तं. सुवर्णं जलं तु जलं न इति सर्वेषां सम्मतम्. आहत्य सुवर्णं जलापेक्षया भिन्नं परन्तु तस्मिन् गुरुत्वम् अस्ति अतः पृथिवी एव स्यात्. अस्तु, अत्र द्वितीयबिन्दुः तेषां चिन्तनम् एवम् अस्ति. गुरुत्वं तु जले भवति अपि च पार्थिवद्रव्ये भवति. सर्वे अङ्गीकुर्वन्ति यत् सुवर्णं तु जलं नास्ति अथवा जलं नास्ति इति. गुरुत्वं पृथिव्याम् अस्ति अपि च जले अस्ति. यदा जलं निष्कासयामः चेत् पृथिवी एव भवति इति तेषां चिन्तनम्. अपि च अत्र लिखितमस्ति तेजसि गुरुत्वं नास्ति तदर्थं सुवर्णं तेजः नास्ति. दीपस्य प्रकाशः सर्वत्र गच्छति अधः गच्छति उपरि गच्छति सर्वत्र गच्छति तदर्थं तेजसि गुरुत्वं नास्ति. त्यक्त्वा जलं त्यक्त्वा सुवर्णं पृथिवी एव इति तेषां
हा समीचीनमस्ति. तर्हि गुरुत्वम् इति पृथिव्यां जले एव इति सर्वेषाम् अङ्गीकारः. तर्हि जलं तु नास्ति यतोहि तत्रैव उक्तम् अभास्वरशुक्लरूपं नास्ति सुवर्णस्य इति कृत्वा जलं नास्ति. तर्हि पृथिवी एव भवेत् गुरुत्वस्य अपि च पीतरूपस्य आधारेण एवं वदन्ति पूर्वपक्षिणः. अस्तु, उत्तरत्वेन सिद्धान्तिनः किं वदन्ति इति अग्रे अस्ति. हा, अपि च सन्ध्या भगिनी, अहं विस्मरामि तदर्थं वदामि, भवत्याः प्रश्नस्य विषये प्रायः चर्चा जाता इति चिन्तयामि. कैश्चित् सह मम चर्चा जाता आसीत् तदा अत्र पश्यामश्चेत् इन्द्रियं विलक्षणम् अस्ति खलु लक्षणवाक्येषु, अस्ति वा? इत्युक्ते रूपग्राहकं चक्षुः इति तेजसः इन्द्रियम् अस्ति. तर्हि तत्र त्वक् इति इन्द्रियेण रूपमपि किं वायुः अपि गृह्यते, तेजः अपि गृह्यते, अन्यानि अपि इन्द्रियाणि अन्यानि अपि द्रव्याणि गृहीतानि भवन्ति इति. तर्हि प्रायः अत्र चक्षुः इति इन्द्रियं तेजसः कृते विलक्षणम् अस्ति वा इति एकः प्रश्नः आसीत्.
इत्युक्ते चक्षुषा पुनः पृथिवी अपि गृह्यते, अनन्तरं किम् आपः अपि गृह्यन्ते. तर्हि तत्र तर्हि कथम् इति प्रश्नः अस्ति, तत्र किञ्चित् अवगमनम्.
हा प्रायः तत्र अपि च हा सावित्री भगिनी.
न न, मम प्रश्नः न अवगतः मया, प्रश्नः किम् अस्ति?
तत्र भगिनी पृष्टवती यद् रूपरहितस्पर्शवान् वायुः इति उक्तं खलु, तत्र वायोः विलक्षणगुणः तादृशमस्ति, स्पर्शवान् अस्ति रूपरहितम् अपि अस्ति इति. तेजसः लक्षणवाक्ये उष्णस्पर्शवत् तेजः इति उक्तम्, परन्तु तेजसि रूपमपि अस्ति, इन्द्रियं रूपग्राहकं चक्षुः इति उक्तं, तर्हि किमर्थं न त्वचा इत्यस्य त्वक् इत्यस्य आधारेण इन्द्रियं न स्थापितवन्तः इति? यतोहि स्पर्शः तु तेजसि अपि अस्ति, जले अपि अस्ति, त्वक् अपि इन्द्रियं भवितुम् अर्हति किल इति भगिन्याः प्रश्नः.
परन्तु अत्र लक्षणस्य साधनार्थं खलु, अस्तु मम चिन्तनम् अस्ति यत् अस्तु त्वचा बहु किमपि अनुभवं कर्तुं शक्यते खलु,
उष्णस्पर्शं शीतस्पर्शं रूपरहितस्पर्श ऐ मीन् विलक्षणस्पर्शः यः वायौ अस्ति तदपि अनुभूयते त्वचा.
किन्तु अतिव्याप्ति दोषः भवति न भगिनी, रूप त्रयो जले अस्ति, पृथ्व्याम् अस्ति, तेजसि अपि अस्ति, तु तस्य लक्ष्यवाक्ये वक्तुं न शक्नुमः न.
हा इति सत्यं, किन्तु केन आधारेण चक्षुः तैजसम् इन्द्रियं, केन आधारेण त्वक् इति वायवीयम् इन्द्रियम् इति भगिन्याः प्रश्नः आसीत् इति मन्ये खलु.
कथं तत्र समन्वयः, कथं लक्षणम् अपि च इन्द्रियं द्वयोः मध्ये समन्वयः केवलं पृथिव्याः इत्यत्र दृश्यते, तत्र गन्धः पृथिव्यामेव अस्ति, अपि च घ्राणम् इति तत्र इन्द्रियं तस्य अस्ति इति तत्र समन्वयः, परन्तु अत्र शीतस्पर्शवत्वं यदि लक्षणम् अस्ति आपाम्, उष्णस्पर्शवत्वं तेजसः, तर्हि तत्र स्पर्शः इति द्वयोः अपि अस्ति, परन्तु स्पर्शग्राह्यकं यदिन्द्रियम् अस्ति त्वक्, तत्तु तत्र नास्ति. इत्युक्ते तत्र प्रायः तादृशसम्बन्धः अस्ति वा नास्ति वा लक्षणे अपि च इन्द्रिये इति.
हा 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 सत्यं, पृथिवीं विहाय अन्यत्र सर्वत्र तादृशसम्बन्धः न दृश्यते.
हा अस्ति वा न आवश्यकः इत्युक्ते केन आधारेण तत्र
चक्षुः तैजसम् इति केन आधारेण? हा यथा हा यथा वयम् अधुना चर्चयामः सुवर्णं तैजसं केन आधारेण इति, तद्वत् तेषां विवरणं किम् अस्ति इति खलु.
इत्युक्ते तत्र इतोपि पश्यामश्चेत् कस्य द्रव्यस्य किम् इन्द्रियम् इति कथं निर्णीयते इति प्रश्नः अस्ति तत्र.
हा 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 अस्तु अस्तु प्रश्नः अस्तु, प्रेषयामि महोदयं प्रति प्रायः.
अस्तु धन्यवादः.
अस्तु अग्रे रामप्रिया भगिनी अग्रे पठति वा करपत्रे सिद्धान्तिनः मतं किम् इति?
आं भगिनि एकनिमिषम्. सिद्धान्तः, स्वर्णे तेजः अपि अस्ति, पृथ्वी अपि अस्ति, सिद्धान्ति नैयायिकः. पृथ्व्यां कुत्रचित् नैमित्तिकं द्रवत्वं भवति इत्युक्तौ द्रवत्वस्य हेतुः अस्ति चेत् कानिचन पार्थिवद्रव्याणि द्रवस्य आकारं प्राप्नुवन्ति, यथा घृतम्. अग्निसंयोगे सति घृतं द्रवः भवति, घृते द्रवत्वम् उत्पद्यते, तस्मिन् घृते पुनः इतोपि तेजसंयोगः क्रियते चेत् तद् द्रवत्वं नश्यति. इदानीं नैयायिकानां मतं किम् अस्ति इति, तद् ते वदन्ति सुवर्णे तेजः अपि अस्ति, पृथिवी अपि अस्ति इति. ते ये वदन्ति यत् पृथिव्यां नैमित्तिकं नियमेन किमपि द्रव्यं द्रवत्वम् अस्ति इति. किम् उदाहरणरूपेण यदा वयं घृतम् इति स्वीकुर्मः, घृतम् इत्युक्ते घी किल भगिनि, अग्नि यदा वयम् अग्न्यां स्थापयामः चेत् अग्निसंयोगे भवति चेत् घृतं द्रवः प्रथमं भवति, घृते द्रवत्वं तदा अनन्तरं उत्पद्यते घृते, पुनः इतोपि तेजसंयोगः भवति चेत् तद् द्रवत्वं नाशं भवति इति. अतः तस्य मतम् अस्ति तद् तेजः अपि अस्ति, पृथ्वी अपि अस्ति इति.
तद् मतं न जातम् अत्र घृतस्य विषये, केवलं पार्थिवं घृतं, यतोहि बहुकालपर्यन्तं घृतम् अग्नौ स्थापयामः, नाम अग्निचुल्यां स्थापयित्वा कुत्रचित् गच्छामश्चेत् किं भवति, घृतस्य का गतिः तदा? घृतः नश्यति खलु?
नश्यति आम्.
हा, केवलं द्रवत्वं नश्यति इति न, द्रवत्वं द्रवत्वस्य नाशः भूत्वा घृतं पुनः घनं भवति, नाम सालिडिफै भवति. तदर्थं पृथिव्याः तादृशगुणः, तादृशस्वभावः इति ते वदन्ति. पृथिव्यां नैमित्तिकद्रवत्वं तु अस्ति. नैमित्तिकं द्रवत्वम् इत्युक्ते कश्चन हेतुः, अग्निरूपहेतुः भवति चेत् अस्तु, द्रवत्वं प्राप्नोति पृथिवी. किन्तु इतोपि किञ्चित् अग्निसंयोगेन द्रवत्वं नश्यति अपि. अस्तु, अग्रे पठतु भगिनि.
अधुना पात्रद्वयम् अस्ति. बृहती पात्रे जलं संस्थापितं, तस्मिन् जले पुनः लघुपात्रं स्थापितं यस्मिन् घृतम् अस्ति. बहु बृहत् पात्रस्य अधः अग्नि आरब्धः, उष्णसंयोगेन घनं घृतं द्रवः भवति. ततः अग्रे यावत् अग्निसंयोगः करोति घृते विद्यमानद्रवत्वं न नश्यति. अग्निघृतयोः मध्ये यत् जलम् अस्ति तत् जलं घृतद्रवत्वनाशं प्रतिबध्नाति. अतः घृतद्रवत्वनाशं प्रति जलं प्रतिबन्धकम् इति उच्यते. पात्रद्वयम् अत्र अन्यत् उदाहरणमस्ति. पात्रद्वयम् अस्ति, बृहत् पात्रे जलम् अस्ति, अन्यत् पात्रे लघुपात्रे घृतम् अस्ति. तद् जलस्य अन्ते वयं स्थापयामः चेत् स्थापयित्वा बृहत्पात्रस्य अधः अग्निः आरब्धः. इदानीं किं भवति इत्युक्ते उष्णसंयोगेन घनघृतं यद् लघुपात्रे अस्ति तद् द्रवः भवति. अग्ने यावत् अग्निसंयोगः भवति चेत् घृते यद् द्रवत्वम् अस्ति तद् इदानीं न नश्यति. द्वितीय उदाहरणे तद् न नश्यति. किमर्थम् इत्युक्ते अग्निघृतयोः मध्ये यत् जलम् अस्ति तद् घृतद्रवत्वनाशं प्रतिबध्नाति, प्रतिबाधनं करोति. आम्, बन्धकरूपेण अस्ति तत् जलं, प्रतिबन्धकरूपेण.
नाम
घनं कथं किम् अस्ति भगिनि? घनं
घनम् इत्युक्ते सालिड् भगिनि. अस्तु अस्तु, तर्हि जलम् इति प्रतिबन्धकम् आवश्यकं घृतस्य द्रवत्वस्य संरक्षणार्थम् इति कृत्वा घृतं सर्वेषां पार्थिवद्रव्याणां तादृशस्वभावः अस्ति. प्रतिबन्धकः अस्ति चेत् द्रवत्वं भवति. किन्तु सुवर्णस्य तादृशः एव स्वभावः अस्ति वा इति द्रष्टव्यमस्ति अग्रे. अग्रे भारती भगिनी अस्ति वा?
आम्
अग्रे भगिनि.
सिद्धान्तः
न, तत्र न स्मः भगिनि. असति प्रतिबन्धके असति प्रतिबन्धके करपत्रे
करपत्रे अस्ति. असति प्रतिबन्धके अत्यन्त अनलसंयोगे पार्थिवद्रवत्वं नश्यति. द्रुतं यत् घनम् आसीत् अग्निसंयोगेन द्रवः जातः, तदा अत्यन्त अनलसंयोगे पुनः घनम् आकारं प्राप्तं. द्रुतं ज्वलति, तस्य च कृष्णरूपं भवति. परन्तु जलप्रतिबन्धके सति अत्यन्त अनलसंयोगे सति अपि पार्थिवद्रवत्वं न नश्यति. जलादिप्रतिबन्धकं नास्ति चेत् अत्यन्त अनलसंयोगे सति पार्थिवद्रवत्वं नश्यति. अत्यन्त अनल तेजः अत्यन्त अस्ति इति अस्ति चेत् घनं कृष्णरूपं भवति,
घृतं कृष्णरूपं भवति. नाम असति प्रतिबन्धके इत्युक्ते प्रतिबन्धकं जलरूपप्रतिबन्धकं नास्ति चेत् अत्यन्तानलसंयोगे इत्युक्ते अत्यन्ततेजसः संयोगे इत्युक्ते बहुकालपर्यन्तं तेजसः संयोगो भवति चेत् तदा घृतस्य द्रवत्वं नश्यति खलु. पुनः घृतं घनं भवति, घृतं ज्वलति, कृष्णरूपं च तत्र सूट्वा आश् इति आगच्छति. अतः पार्थिवद्रव्याणां तादृशस्वभावः, प्रतिबन्धकं नास्ति चेत् अत्यन्तानलसंयोगः भवति चेत् पार्थिवद्रव्यस्य द्रवत्वं नश्यति. हा, नो चेत् तिष्ठति. जलप्रतिबन्धके सति अत्यन्तानलसंयोगे सति भवति, न नश्यति पार्थिवद्रवत्वं. हा, इति वार्ता अस्ति पार्थिवद्रव्याणां. किन्तु सुवर्णमपि तथा वा इति प्रश्नः. सुवर्णम् असति प्रतिबन्धके अत्यन्तानलसंयोगे सुवर्णस्य द्रवत्वं नश्यति न वा इति प्रश्नः. तस्य उत्तरत्वेन अग्रिमपरिच्छेदः अस्ति. बालसुब्रह्मण्यमहोदय.
अधुना सुवर्णम् अनलसंयोगे सति सुवर्णः द्रवः भवति, अत्यन्त अनलसंयोगे सति अपि द्रवत्वं तिष्ठति एव, सुवर्ण पुनः घनं न भवति. यद्यपि अग्निसुवर्णयोः मध्ये जलं न स्यात् तथापि सुवर्णस्य द्रवत्वं तिष्ठति. अतः सुवर्णस्य अन्तः एव द्रवत्वनाशं प्रति किञ्चन प्रतिबन्धकं स्यात्. तच्च प्रतिबन्धकं पृथिवी न भवितुमर्हति, यतोहि अनलसंयोगे पृथिवी स्वयं ज्वलति. जलम् अपि न भवितुमर्हति. सुवर्णे जलस्य अभावात् तत्र सर्वेषाम् अङ्गीकारः. वैवादिषु द्रव्येषु रूपाभावात् सुवर्णे न भवितुमर्हन्ति, केवलं तेजः अवशिष्यते. अतः सुवर्णे द्रवत्वनाशं प्रति विद्यमानं प्रतिबन्धकः तेजः एव स्यात्. परन्तु ब्रह्मः अत्रापि जलं मध्ये अस्ति चेत् सुवर्णद्रवं पुनः घनं न भवति किल?
सुवर्णं घनं न भवति. अत्र वार्ता का इति चेत् अत्यन्तानलसंयोगः नाम बहुकालपर्यन्तम् अनलसंयोगः अग्नेः संयोगः भवति चेत् अपि च प्रतिबन्धकमपि नास्ति चेत् तदा सुवर्णं ज्वलति वा इति प्रश्नः. घृतं यदा यथा ज्वलति तद्वत् सुवर्णं ज्वलति वा? न ज्वलति खलु. इत्युक्ते सुवर्णस्य आश् वा सूट् वा किमपि न भवति अत्यन्तानलसंयोगेन, न भवति. सुवर्णं द्रवं भवति इत्युक्ते लिक्विडिटि आगच्छति सुवर्णे, तथा तिष्ठति एव, न ज्वलति. वेपरैसेस् अथवा केचस् फायर् अपि, आयिल् यत्किमपि भवतु, बहुकालपर्यन्तम् अग्निस्पर्शः भवति चेत् तद् ज्वलति खलु. सुवर्णस्य तादृशी स्थितिः नास्ति. यद्यपि अग्निसुवर्णयोः मध्ये जलं न स्यात्, जले सुवर्णं न स्थापयामः, साक्षात् अग्नौ एव पात्रे सुवर्णं स्थापयामश्चेत् सुवर्णं द्रवत्वं प्राप्य तथा एव तिष्ठति इति. तस्य द्रवत्वस्य नाशः न भवति. किमर्थं न भवति? तस्य उत्तरमस्ति सुवर्णं घृतवत् पार्थिवद्रव्यं नास्ति. तदर्थं सुवर्णे स्वस्मिन् कश्चन किञ्चन प्रतिबन्धकं स्यात्, तत् प्रतिबन्धकम् एव तेजः इति ते वदन्ति सिद्धान्तिनः. अतः सुवर्णं पार्थिवद्रव्यं न भवितुम् अर्हति. जलं तु न भवति एव, यतोहि तत्र अभास्वरशुक्लरूपं नास्ति इति कृत्वा जलं न भवति, सुवर्णं वायुः अपि न भवति, यतोहि सुवर्णे रूपं तु अस्ति खलु, न भवति। तर्हि अवशिष्टं किम्? अधुना द्रवत्वस्य उदाहरणं दृष्ट्वा पार्थिवद्रव्यमपि नास्ति इति चर्चितवन्तः, तर्हि केवलं तेजः अवशिष्यते, अतः सुवर्णं तैजसं द्रव्यम्।
तत्र गुरुत्वविषये यदस्ति तद् उपरि स्टात् यदि पातयामः तर्हि अधः पतति सुवर्णम् इति कृत्वा, तस्य किमस्ति उत्तरं? किमर्थं तत्र गुरुत्वं तु तेजसि नास्ति तथापि कथं सुवर्णे इति?
तथापि पतति यतोहि पृथिव्याः अंशाः सन्ति इति। अत्र उक्तमस्ति तेजः मुख्यांशः, पृथिवी अपि अस्ति इति।
अस्तु
अस्तु, प्रायः भवत्याः प्रश्नस्य उत्तरम् अस्मिन् वाक्ये अग्रे अस्ति, दीपिका सुवर्णतेजसत्ववादः इति अस्ति खलु। अधुना वयं यत्किमपि चर्चितवन्तः तद् मूलग्रन्थात् एव उद्धृतमस्ति, मूलग्रन्थे दीपिका इत्यस्मिन् ग्रन्थे एवमस्ति। तर्हि हा, समयाभावे सति अहम् अत्र किञ्चित् विवृणोमि। ननु सुवर्णं पार्थिवं पीतवत्वात् गुरुत्वात् हरिद्रावत् इति चेत् इति पूर्वपक्षिणः वाक्यम्। एतत् सर्वं तु जानीमः, पीतत्वात् गुरुत्वात् हरिद्रावत् अस्ति, हरिद्रा इति पार्थिवं तद्वदेव सुवर्णमिति। तस्य उत्तररूपेण सिद्धान्ति वदति, न अत्यन्तानलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन जलमध्यस्थघृते द्रवत्वनाशादर्शनेन नाशस्य अदर्शनेन असति प्रतिबन्धके पार्थिवद्रवत्वनाशाग्निसंयोगयोः कार्यकारणभावधारणात्। एतत् सर्वं दृष्ट्वा सिद्धान्ती किं पश्यति, घृतादौ द्रवत्वनाशः भवति यदि अत्यन्तानलसंयोगः भवति, तदा जलप्रतिबन्धकं नास्ति चेत् द्रवत्वनाशः अदर्शनं, द्रवत्वनाशस्य अदर्शनं नो चेत् द्रवत्वनाशस्य दर्शनम् इति सर्वं दृष्ट्वा असति प्रतिबन्धके पार्थिवद्रवत्वनाशः भवति इति दृष्ट्वा पार्थिवद्रवत्वनाशः अपि च अग्निसंयोगः तयोः कार्यकारणभावः अस्ति इति वदति सिद्धान्ति। अस्तु, तर्हि पार्थिवद्रव्यस्थले तदागतम्। अधुना अग्रे गत्वा सुवर्णस्य अत्यन्तानलसंयोगे सति अनुच्छिद्यमानद्रवत्वाधिकरणत्वेन पार्थिववत्त्वानुपपत्तेः, पुनः षष्टि सत्र सर्वत्र पञ्चमी विभक्ति अस्ति, कारणपञ्चमी। किमर्थं पार्थिवद्रव्यं नास्ति इत्युक्ते प्रथमतया द्रवत्वनाशं पश्यति असति प्रतिबन्धके अत्यन्तानालसंयोगे, अनन्तरं सुवर्णस्य अत्यन्तानलसंयोगे सत्यपि अनुच्छिद्यमानः नाम अनाश्यमानः द्रवत्वं भवति एव सुवर्णे, तादृशद्रवत्वस्य अधिकरणत्वम् अस्ति सुवर्णे इति कृत्वा पार्थिववत्त्वस्य अनुपपत्तिः भवति। अनुपपत्तिः इत्युक्ते न आगच्छति, न आपतति पार्थिवत्वं सुवर्णे इति साधयन्ति। तस्मात् किं जायते? तस्मात् पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वादिकरणतया जलत्वानुपपत्तेः इति एतावत्पर्यन्तं किञ्चित् परिशीलयामः। पीतद्रव्यम्, अत्र पीतद्रव्यम् इत्युक्ते सुवर्णमेव, तस्य पीतद्रव्यस्य द्रवत्वनाशप्रतिबन्धकतया नाम पीतद्रव्ये सुवर्णे एव द्रवत्वनाशप्रतिबन्धिकतया किमपि अस्ति, तद् किं? द्रवद्रव्यान्तरसिद्धौ, द्रवद्रव्यम् इति त्रीणि, पृथ्वी जलं तेजः इति द्रवद्रव्याणि इति उच्यते, यतोहि तेषु एव द्रवत्वं भवति। परन्तु नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः, जलम् इति स्वयं द्रव, तस्मिन् नैमित्तिकद्रवत्वं नास्ति, जले तु स्वाभाविकतया द्रवत्वम् अस्ति, फ्लूइडिटि अथवा लिक्विडिटि स्वाभाविकतया जलत्वे अस्ति, जले अस्ति इति कृत्वा नैमित्तिकद्रवत्वाधिकरणतया जलत्वस्य अनुपपत्तिः नाम नैमित्तिकद्रवत्वं केवलं तेजसि पृथिव्यामेव, जले नास्ति इति कृत्वा जलत्वमपि निष्कासितं सुवर्णं जलस्य पङ्क्त्यां न आगच्छति इति अपि च रूपवत्तया वायवादिषु अनन्तर्भावात् तैजसत्वसिद्धिः आहत्य नैमित्तिकजलत्वं जले नास्ति अवशिष्टं पार्थिवं च वायुः वायुः इत्यस्मिन् रूपः नास्ति इति कृत्वा वायुः अपि निष्कासितः पृथिव्यां तु दृष्टवन्तः असति प्रतिबन्धके अत्यन्तानुलसंयोगे द्रवत्वनाशः इति कृत्वा पृथिवी अपि नास्ति सुवर्णे पार्थिवम् अपि इति वक्तुं न शक्नुमः इति कृत्वा तेजसत्त्वसिद्धिः भवति अस्तु अधुना अवशिष्टः एकः प्रश्नः अस्ति तेजः इत्युक्ते तस्मिन् उष्णस्पर्शः अस्ति भास्वररूपः अपि अस्ति रूपमपि अस्ति तर्हि किमर्थं तद् न दृश्यते इति प्रश्ने कृते उत्तरम् इदमस्ति तस्योष्णस्पर्शभास्वररूपयोः उपष्टम्बकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धात् अनुपलब्धिः नाम उपष्टम्बकरूपेण इत्युक्ते यत्किमपि बध्नाति ब्लाक् इति करोति तादृश उपस्तम्बकः अस्ति पृथिवी सुवर्णे पृथिव्याः विद्यमानत्वेन उष्णस्पर्शः अपि च भास्वररूपं न दृश्येते सुवर्णे नो चेत् वस्तुतः सुवर्णं तैजसमेव तस्मिन् उष्णस्पर्शः भास्वररूपम् अपि अस्ति किन्तु पृथिवी अत्र प्रतिबध्नाति तयोः प्रतिबन्धकत्वेन पृथिवी अस्ति सुवर्णे इति कृत्वा तयोः अनुपलब्धिः इन्द्रियैः न गृह्यते उष्णस्पर्शः अपि च भास्वररूपम् इति ते वदन्ति
एषा एव क्षम्यताम् एषा एव पृथिवी यः भागः अस्ति पृथिव्याः तदेव सः एव तत्र गुरुत्वम् अपि जनयति इति सुवर्णे अस्तु अस्तु भगिनि
इति तस्मात् सुवर्णं तैजसमिति सिद्धम् इति ते वदन्ति इति विचारः अस्ति सुवर्णं तैजसं द्रव्यं किमर्थम् इति अयं विचारः किन्तु अद्य भवत्याः प्रश्नः यः आसीत् चक्षुः किमर्थं तैजसम् इन्द्रियं रसनं किमर्थं जलीयम् इत्यादिकं चर्चनीयं कदाचित्
आम्
इति अस्ति अस्तु अन्य कोऽपि प्रश्नः वा अथवा चिन्तनम् बहु कालं यापितवन्तः सुदीर्घः वर्गः आसीत् इति
धन्यवादः
विरमामः धन्यवादः
धन्यवादः शुभरात्रि